सर्वेषां समासचिन्तनवर्गे पुनः एकवारं स्वागतम्। समासप्रक्रियायां कानिचन सोपानानि सन्ति, अपि च केचन विषयाः स्मर्तव्याः। तान् स्मर्तव्यान् अंशान् गते सप्ताहे एव वयं दृष्टवन्तः। अद्यतन अस्माकं विषयः अस्ति समासस्य प्रभेदाः इति विषयः। इत्युक्ते समासे कति प्रभेदाः सन्ति, कीदृशप्रभेदाः सन्ति, समासानां नामानि कानि, एतत् सर्वम् अद्य वयं किञ्चित् करपत्रात् पठामः अत्र। किन्तु केवलं नामानि एव अद्य वयं ज्ञास्यामः, किन्तु यदा प्रक्रियाकाले विस्तरेण उदाहरणानि स्वीकृत्य सूत्राणाम् आधारेण तेषां परिशीलनं करिष्यामः। किन्तु अद्य केवलं समासानां नामानि एव जानीमः अत्र। तदर्थं तत्र करपत्रं स्थापयन्तु पुरतः। अष्टमबिन्दुतः आरभ्य अद्य पठनीयं। तत्र समासप्रक्रियाचिन्तनम् अग्रे भविष्यति, किन्तु अद्य केवलं समासप्रभेदानां प्रसङ्गे एव किञ्चित् अवगन्तुं प्रयत्नं कुर्मः वयं सर्वे मिलित्वा। अत्र अरुणा भगिनी आरम्भं करोति वा?
आं भगिनि, समासभेदः भेदाः समासः प्राधान्येन पञ्चधा विभक्तः वर्तते। अव्ययभावसमासः, तत्पुरुषसमासः, बहुव्रीहिसमासः, द्वन्द्वसमासः, केवलसमासश्च। वयं जानीमः समासः पञ्चविधाः वर्तते। प्रथमम् अव्ययभावसमासः, तत्पुरुषसमासः, द्वितीयं बहुव्रीहिसमासः, द्वन्द्वसमासः, केवलसमासः च इति।
उत्तमं। केवलसमासप्रसङ्गे वयं पूर्वं किञ्चित् ज्ञातवन्तः, यदि भवती इच्छति चेत् किञ्चित् वदतु केवलसमासप्रसङ्गे।
केवलसमासे अत्र सुबन्तरूपाणि सामर्थ्यात् अस्ति, परन्तु विशेषता नास्ति इति अहं मन्ये। केवलं द्वे शब्दाः शब्दरूपाः एव मिलित्वा समासः भवति।
इत्युक्ते तत्र वयं पूर्वं दृष्टवन्तः केवलसमासः नाम किम् इति प्रश्नं पृच्छामश्चेत् तत्र विशिष्टसंज्ञाविनिर्मुक्तः केवलसमासः इति विषयः। इत्युक्ते तत्र वयं जानीमः तत्र चत्वारः अधिकाराः सन्ति। अत्र केवलं सहसुपा इत्यनेन समस्तपदनिर्माणं भवति, किन्तु विशिष्टसमाससंज्ञा न दीयते, स एव केवलसमासः इति। अत्र प्रथमं वाक्यं पश्यन्तु, समासः विभक्तः कथं पञ्चधा। साधारणतया वयं शृणुमः सर्वधा, शतधा, सहस्रधा, एतादृशानि पदानि वयं जानीमः एव। समासः विभक्तः कथं पञ्चधा, प्राधान्येन पञ्चधा विभक्तः। उत्तमं भगिनी, तावदेव। अत्र विनय महोदय भवान् पठतु अग्रिमपरिच्छेदम्।
भगिनि, पञ्चधा कीदृशपदमस्ति?
पञ्चधा इत्युक्ते अहं चिन्तयामि तद्धितप्रत्ययान्तरूपं, तत्र एकः प्रत्ययः अस्ति। अपि च भवती एव किञ्चित् वदतु भगिनि, प्राधान्यम् इति पदम् अस्ति।
प्राधान्यम् इति प्रधान तस्य स्वभावप्राधान्यं घञ् प्रत्ययोजित्वा भवति प्राधान्यम् इति अहं चिन्तयामि। यदि प्रधानता आगच्छति तत् तल् प्रत्ययोजित्वा प्रधानता आगच्छति, द्वयोः अर्थं समान अस्ति, प्राधान्यं वा प्रधानता, द्वयोः अर्थ समान अस्ति। एकस्मिन् तल् प्रत्ययो योजितं भवति, अन्ये घञ् प्रत्ययोजितं भवति इति अहं
आं भगिनी, भवती सम्यक्तया उक्तवती. अत्र प्राधान्यम् इति पदमस्ति. प्राधान्यं पश्यन्तु, प्रधानस्य भावः प्राधान्यम् इत्युक्ते तत्र मधुरस्य भावः माधुर्यं तथितप्रत्ययान्तरूपं. शञ् इति एकः प्रत्ययः अस्ति, न तु घञ्, शञ् इति प्रत्ययः अस्ति. तत्र प्रधानस्य भावः प्राधान्यम्. अत्र आदिवृद्धिः भवति. प्रधान इत्यस्मिन् पदे आदिमवर्णः अकारः अस्ति, अकारस्य वृद्धिसंज्ञकवर्णः आकारः. तदर्थमेव उष्णस्य भावम् औष्ण्यम्, शीतलस्य भावं भावः शैत्यम्, एतादृशानि पदानि सन्ति. यथा भगिन्या उक्तं, प्राधान्यं, प्रधानता, प्रधानत्वम्, एतानि त्रीणि पदानि समानार्थकानि. इत्युक्ते तत्र त्वम् इति एकः प्रत्ययः अस्ति, तेन प्रधानत्वं पदं सिद्ध्यति. प्रधानता यथा भगिन्या उक्तं, तल् प्रत्ययः अस्ति. मधुरता तथा एव अत्र प्रधानता इति अस्ति. प्रधानस्य भावं प्राधान्यम् इति एतानि पदानि तद्धितप्रत्ययान्तपदानि. वयम् एतेषां पदानां विषये अग्रे पठिष्यामः. केवलं किञ्चित् उक्तवती. महोदय पठतु.
प्रधान्यं नाम केन समासे प्राधान्यस्य निर्णयार्थं क्रियायाः गुणस्य च अन्वयं यदा कुर्मः तदा यः पदार्थः क्रियया गुणेन, तृतीयाविभक्ति क्रियया गुणेन सह.
क्षम्यतां,
किञ्चित् वदतु महोदय. अत्र भवती किम् उक्तवती, भगिनी किम् उक्तवती इत्युक्ते, अत्र भवतः पार्श्वे करपत्रमस्ति चेत् करपत्रं दृष्ट्वा प्रथमतया तत्र परिच्छेदं पठित्वा तस्य विवरणं ददाति चेत् इतोपि समीचीनं भवति इति भगिन्याः आशयः. वदतु महोदय.
अहम् आरब्धं करोमि. प्राधान्यं नाम किम्?
क्षम्यतां.
समासप्राधान्येन पञ्चवधा विभक्ता वर्तते. पूर्वं वदितः अव्ययीभावसमासः, तत्पुरुषसमासः, बहुव्रीहिसमासः, द्वन्द्वसमासः, केवलसमासः च. केवलसमासः भवती उक्तवान्. समासे पूर्वपदम् उत्तरपदञ्च भवतः इति उक्तम्. समासे पूर्वपदस्य उत्तरपदस्य च अर्थः अस्ति. कदाचित् पूर्वपदार्थस्य, कदाचित् उत्तरपदार्थस्य, कदाचित् अन्यपदार्थस्य, कदाचित् उभयपदार्थस्य च प्राधान्यं भवति. यस्य पदस्य अर्थः प्रायः क्रियया नो चेत् गुणेन वा अन्वितः भवति, स अर्थः प्रधानः इति उच्यते. यद्यपि अष्टाध्याय्यां प्राधान्यम् इति विषयः न उक्तः, तथापि व्याकरणग्रन्थेषु प्राधान्यम् इति विषयः प्रसिद्धः एव. समस्तपदे किं पदं प्रधानम् इति द्रष्टुं किञ्चित् क्रियापदम् उच्चारणीयं, नो चेत् कश्चित् गुणः उच्चारणीयः. ततः पूर्वोत्तरपदार्थयोः मध्ये किं पदं क्रियया अन्वितं भवति इति परिशील्य प्रधान अप्रधानयोः निर्णयः कर्तव्यः. अग्रे पठामि.
प्रतिपादयतु महोदय. अत्र अत्र बहूनि वाक्यानि सन्ति, अपि च बहवः विषयाः दत्ताः. केवलं पुनःस्मरणार्थं किञ्चित् वदतु. प्रतिपादयति वा?
समाससम्बन्धे पदं पदं सन्ति कदाचित् पूर्वपदार्थस्य प्राधान्यम् आगच्छति यथा राज्यपुरुषः सीतायाः पतिः इत्यादि तत्पुरुषसमासः कदाचित् उत्तरपदार्थस्य प्राधान्यं भवति
कदाचित्पुरुषसमासे तु पूर्वपदस्य प्राधान्यं न भवति खलु
आं भगिनि अहं केवलं शृणोमि तदनन्तरं वदामि केवलं शृण्वती अस्मि अत्र महोदय वयं
मम दोष
चिन्ता मास्तु अत्र अहं
पुरुषप्रधान अस्ति सीता पति पतिप्रधान अस्ति मम दोष
अत्र एकमेकं वाक्यं स्वीकृत्य किञ्चित् परिशीलयामः समस्तपदे यदि पदद्वयमस्ति चेत् तत्र पूर्वं श्रूयमाणं पदं पूर्वपदम् उत्तरं श्रूयमाणं पदम् उत्तरपदम् इति वयं जानीमः अत्र पूर्वपदस्य उत्तरपदस्य च अर्थः अस्ति इत्युक्ते भवतः अवगमनं किं यदि अत्र रमापतिः इति पदमस्ति चेत् पूर्वपदस्य अर्थः अस्ति उत्तरपदस्य अर्थः अस्ति इति अवगन्तुं किञ्चित् वदतु अत्र
तर्हि कदाचित् उभय पदार्थस्य प्राधान्यं यथा यदि अहं स्मरामि द्वन्द्वसमासः यु नो उदाहरण उभयपदार्थस्य प्राधान्यं ददाति तर्हि यदि वयं अपूर्वनिपाते सम्बन्धे वदामि तर्हि यदि समासः अतिमालः अस्ति तर्हि पूर्वपदम् अति अस्ति अतिक्रान्तः आधारेण अतः तत्र अति नियतविभक्ति अस्ति परन्तु यदि वयं परन्तु अन्यविषयः यदि अहम् अवगतामि क्रिया वा गुणः निर्धारितः
उदाहरणार्थ क्षम्यतां महोदय अत्र किञ्चित् अत्र किं दत्तमस्ति इत्युक्ते करपत्रे किं दत्तमस्ति इति अत्रापि वाक्यानां बहु प्राधान्यमस्ति इत्युक्ते भगिनी यद्यपि सरलरूपेण एव लिखितवती किन्तु अत्र वाक्यानां बहु प्राधान्यमस्ति तदर्थम् अत्र एव अत्र स्थितानि वाक्यानि स्वीकृत्य एव वयं किञ्चित् परिशीलनं कुर्मः सुमन् भगिनी किञ्चित् प्रतिपादयतु प्रत्येकं वाक्यं स्वीकृत्य धन्यवादः महोदय अहं पुनः पृच्छामि भवन्तं पृच्छामि
प्रयत्नं करोमि भगिनि
करोतु
समासे पूर्वपदम् उत्तरपदं च भवतः इत्युक्तम् अस्तु वयं जानीमः समासे पदद्वयं भवति यत् पदं वयं प्रथमं वदामः तत् पूर्वपदम् अस्ति यत् पदं वयं अनन्तरं वदामः तत् उत्तरपदम् अस्ति इत्युक्ते सीता पतिः तत्र सीता पूर्वपदं पति उत्तरपदम् समासे पूर्वपदस्य उत्तरपदस्य च अर्थः अस्ति इत्युक्ते इदानीं तु पूर्वपदस्य किमपि अर्थः अस्ति उत्तरपदस्य अपि किमपि अर्थः अस्ति इदानीं वयं जानीमः सीता इत्युक्ते महिलायाः नाम भवति पतिः इत्युक्ते आर्यपुत्रः वा अस्ति तस्य अर्थः अस्ति कदाचित् पूर्वपद पदार्थस्य, कदाचित् उत्तरपदार्थस्य, कदाचित् अन्यपदार्थस्य, कदाचित् उभयपदार्थस्य च प्राधान्यं भवति. इत्युक्ते इदानीं इदानीं समासः पश्यामः चेत् कदाचित् तत् समासः उत्तर पूर्वपदं किम् अस्ति तदेव सूचयति. कदाचित् उत्तरपदं किम् अस्ति तस्य अर्थ एव सूचयति. कदाचित् पद द्वयस्य अर्थ सूचयति. कदाचित् तु पूर्वपदस्य नास्ति, उत्तरपदस्य अर्थः अपि नास्ति, अन्यपदस्य अर्थः सूचयति.
अत्र सूचयति इत्यस्मिन् स्थाने उत्तरपदस्य प्राधान्यमस्ति इत्युक्ते तस्य
अग्रे भवति खलु प्राधान्यम् अतः अहं सूचयति इति उक्तवती. अस्तु, नो चेत् पूर्वपदस्य प्राधान्यं भवति, नो चेत् उत्तरपदस्य प्राधान्यं भवति, कदाचित् पदद्वयस्य प्राधान्यं भवति, कदाचित् पूर्वपदस्य अपि नास्ति, कदाचित् उत्तरपदस्य अपि नास्ति, अन्यपदस्य प्राधान्यं भवति. यस्य पदस्य अर्थः प्रायः क्रियया नो चेत् गुणेन वा अन्वितः भवति सः अर्थः प्राधान्यम् इति उच्यते. अस्मिन् वाक्ये लिखितमस्ति यस्य पदस्य अर्थः. इदानीं वयं साधारणवाक्यं स्वीकुर्मः चेत् बालकः पुस्तकं पठति, तत्र क्रियापदम् अस्ति पठति, कर्तृपदम् अस्ति बालकः. तत्र पठति इति क्रियापदम् अस्ति. बालकः कः पठति इत्युक्ते बालकः पठति. तत्र प्रश्नं पृच्छामः चेत् कस्य समासस्य पदस्य उत्तरपदस्य वा पूर्वपदस्य अर्थं उत्तरे अस्ति चेत् तस्य एव प्राधान्यं भवति. इदानीं वयं वदामः सीतापतिः गच्छति, तत्र वयं पृच्छामः सीता गच्छति वा पतिः गच्छति वा. वयं जानीमः पतिः गच्छति इत्युक्ते पतिः उत्तरपदस्य प्राधान्यं भवति. नो चेत् वयं किमपि गुणः योजितुं शक्नुमः. इत्युक्ते इदानीं तु बालकः पुस्तकं पठति, बालकः उत्तमः अस्ति. तत्र कः उत्तमः अस्ति? बालकः उत्तमः अस्ति. इदानीं तथा एव वयं सीतापतिः उत्तमः अस्ति इति वक्तुं शक्नुमः. कः उत्तमः अस्ति, सीता वा पतिः वा? पतिः एव. अतः इदानीं पतिः पदस्य इत्युक्ते उत्तरपदस्य प्राधान्यं भवति.
इत्युक्ते अत्र प्राधान्यतायाः निर्णयः द्विधा भवति. इत्युक्ते निर्णयं कर्तुम् अत्र प्रकारद्वयम् अस्ति. इत्युक्ते क्रियया सह गुणेन सह. अग्रिमं वाक्यम् अष्टाध्याय्यां यद्यपि प्राधान्यम् इति विषयः नास्ति तथापि व्याकरणग्रन्थेषु प्राधान्यम् इति विषयः प्रसिद्धः एव. अग्रे किमस्ति?
समस्तपदे किं पदं प्राधान्यम् इति द्रष्टुं किञ्चित् क्रियापदम् उच्चारणीयं चेत् कश्चित् गुणः उच्चारणीय नो चेत् कश्चित् गुणः उच्चारणीयः. वयम् इदानीमेव चर्चा कृतवन्तः. किमपि क्रियापदं योजयामः, तत्र कस्य पदस्य अर्थः सूचयति, नो चेत् कस्य पदस्य प्राधान्यं भवति इति वयं द्रष्टुं शक्नुमः क्रियापदेन वयं द्रष्टुं शक्नुमः. नो चेत् किमपि गुणः कः कश्चित् गुणः योजयामः, अनन्तरं पश्यामः सः गुणः कस्य भवति इति. तत्
तेन किं भवति? ततः इति लिखितमस्ति. ततः इत्युक्ते तस्मात् कारणात्. तेन किं भवति? पूर्वोत्तरपदयोः मध्ये, पदार्थयोः मध्ये वदतु.
ततः पूर्व उत्तरपद पदार्थयोः मध्ये किं पदं क्रियया अन्वितं भवति इति परिशील्य प्रधान अप्रधानयोः निर्णय कर्तव्यम्. इदानीं तत्र क्रियापदं योजयामः चेत् समासस्य उत्तरपदं वा पूर्वपदं क्रियया सः अन्वितः भवति इति द्रष्टुं शक्नुमः. तदेव प्रधान अन्य पदं भवति अप्रधानपदम्.
भगिनी एकः प्रश्नः, एकः प्रश्नः, विनयकुमार अहं पठामि. राजदूतः, राजदूतः इति समासः अस्मिन् समासे.
क्षम्यतां महोदय, पुनः एकवारम् अहं पृच्छामि. अत्र पुनः एकवारं पृच्छामि. अत्र तस्मात् तस्य अनन्तरम् एकः परिच्छेदः अस्ति, पुनः पृच्छामि. अत्र अस्मिन् परिच्छेदे इतोपि किमस्ति इति पश्यामश्चेत्, सर्वे पश्यन्तु, अत्र प्रधान अप्रधानयोः निर्णयः इति विग्रहवाक्यमस्ति. तत्र एकमेव समस्तपदं कुर्मः चेत् किं भवति? सुमन् भगिनी वदतु. प्रधान अप्रधानयोः निर्णयः इति लिखितमस्ति. तत्र यदि वयं लेखितुमिच्छामश्चेत्, केवलं समस्तपदं कृत्वा लेखितुमिच्छामश्चेत् तत्र प्रधानाप्रधाननिर्णयः इति भवति. इत्युक्ते तत्र द्वन्द्वगर्भ षष्टितत्पुरुषसमासः भवति. प्रधानाप्रधाननिर्णयः इत्युक्ते तत्र सवर्णदीर्घसन्धिं कृत्वा तत्र एकमेव पदं लेखितुं शक्नुमः. प्रधाना
पूर्वपदं भवति, प्रधान उत्तरपदं भवति निर्णय, समासः भवति प्रधानाप्रधान प्रधाननिर्णयः.
इत्युक्ते तत्र द्वन्द्वसमासः अपि अस्ति, षष्टितत्पुरुषसमासः अपि भवति. इत्युक्ते तत्र षष्टिद्विवचनरूपं, षष्टिविभक्तिद्विवचनं लुप्यते तत्र यदा वयं समस्तपदं कुर्मः चेत्. पश्यन्तु, अत्र पदार्थः, पदार्थः इति लिखितमस्ति. पदार्थः इत्यस्मिन् पदे अपि समासः
षष्टितत्पुरुष पदस्य अर्थः,
पदस्य अर्थः. उत्तमं भगिनि.
अत्रापि प्रधानस्य अप्रधानस्य निर्णयः भवितुं शक्नोति. प्रधानस्य अप्रधानस्य च निर्णयः
द्वन्द्वसमासः अपि अस्ति.
उत्तमं भगिनि. पुष्पा भगिनी उक्तवती, इत्युक्ते तत्र द्वन्द्वगर्भ
प्रथमं द्वन्द्वसमासः अस्ति, अनन्तरं षष्टितत्पुरुष.
आं भगिनि, उत्तमम्. तावदेव. अग्रे अत्र पुष्पा भगिनी भवती पठतु, अग्रे किमस्ति?
कुत्र पठामः? मया न दृष्टं कुत्र पठामः.
चिन्ता मास्तु.
I'll look around. I mean, when the next somebody speaks. Okay.
Darshana bhagini bhavati pathatu. Pradhanyam namakim. Agri gantavyam.
Pradhanyam namakim. Samase pradhanyasya nirnayartham kriyayaha gunasya cha anvayam yada kurmaha tada yaha padarthah kriyaya gunena saha वा अन्वयं प्राप्नोति सः पदार्थः प्रधानः इति कथ्यते. समासे पदद्वयं भवति, द्वयोर्मध्ये यस्य पदस्य क्रियया गुणेन सह अन्वयः भवति सः पदार्थः एव प्रधानः भवति. एतत् एव प्राधान्यम् इति उच्यते. भिन्नेषु समासेषु प्राधान्यं कथं भवति इति अग्रे पश्यामः. तर्हि समासे एकं तु समासः समासः किं किं समासस्य भेदः निर्णय कर्तुं वयं दृष्टवन्तः यत् किं शब्दः अथवा किं पदं प्राधान्यम् इति वयं कथं वा निर्णयं करणीयं तस्य कृते वयं क्रिया अथवा गुण किमपि क्रिया अथवा किमपि गुणः योजयितुं प्रश्नः क्रियते चेत् तर्हि अस्माकं ज्ञातव्यं यत् यस्य समासस्य यस्य पदं क्रिया अथवा गुणेन सह क्रियया अथवा गुणेन सह अन्वितं भवति तदेव प्रधान पदम् इति वक्तुं शक्नुमः. पृथक् पृथक् समासस्य भेदाः सन्ति. तत्र पृथक् कदापि पूर्वं पदं कदापि उत्तरपदम् अन्वयं भविष्यति गुणेन अथवा क्रियया तदेव प्रधानं भवति.
इत्युक्ते अत्र पूर्वस्मिन् परिच्छेदे प्राधान्यं प्राधान्यम् इति वयं पठितवन्तः. तदर्थमेव प्राधान्यम् इत्युक्ते किम् इति ज्ञातव्यं. तदर्थमेव अत्र अयं परिच्छेदः अस्ति. प्राधान्यं नाम किम् इत्युक्ते प्राधान्यस्य निर्णयार्थं तत्र प्रकारद्वयमस्ति, विधानद्वयमस्ति. इत्युक्ते तत्र प्रधानस्य निर्णयार्थं समस्तपदस्य अन्वयः क्रियया सह कुर्मः चेत् इत्युक्ते यद् किमपि क्रियापदं योजयित्वा तत्र प्राधान्यनिर्णयं कुर्मः अथवा गुणवाचकपदं योजयित्वा तत्र प्राधान्यस्य निर्णयं कुर्मः. तदेव अत्र लिखितमस्ति. अत्र समासे पदद्वयं भवति. द्वयोर्मध्ये यस्य पदस्य अन्वयः क्रियया सह भवति अथवा यस्य पदस्य अन्वयः गुणेन सह भवति सः पदार्थः प्रधानः. पश्यन्तु अत्र यस्य पदस्य अर्थः क्रियया सह अन्वयः भवति. अत्र अन्वयः इति एकं पदमस्ति. अन्वयः इत्युक्ते किम्?
अन्वयः इति सम्बन्धः इति सम्बन्धः इति यथा सीतापतिः गच्छति इति विग्रहवाक्ये विग्रहमेव समासे पतिः गच्छति इति वयं जानीमः. तदा पति प्राधान्यता स्वीक्रियते.
इत्युक्ते आहत्य यस्य पदस्य अन्वयः क्रियया सह भवति तस्य पदस्य अर्थः प्रधानः. पदार्थः इति वदामश्चेत् पदस्य साधारणं पदमेव पदार्थः इति पदस्य अर्थः. तस्य पदस्य अर्थः प्रधानः तस्मिन् समस्तपदे इति अवगन्तव्यं. तदेव प्राधान्यं. किन्तु यथा पूर्वमेव उक्तं भिन्नेषु समासेषु प्राधान्यं भिन्नरीत्या अस्ति. तद् अग्रे आगच्छति. अत्र उदाहरणं दत्तमस्ति प्राधान्यनिर्णयार्थम्. अत्र एकम् उदाहरणं प्राधान्यम् इति तस्य अर्थम् अवगन्तुम् अत्र एकम् उदाहरणं दत्तमस्ति. पठतु भगिनि.
यथा राज्ञः दूतः राजदूतः इति समासः. अस्मिन् समासे पदद्वयम् अस्ति. पूर्वपदं राजा उत्तरपदं दूतः इति. राजा इति पूर्वपदस्य अर्थः नृपः इति. दूतः इत्युक्ते सेवकः इति अर्थः. राजदूतः इति समासे किं पदं प्रधानम्? राजा प्रधानः वा दूतः प्रधानः वा? लोके राजा एव प्रधानः, परन्तु व्याकरणे तथा प्राधान्यं न स्वीक्रियते. तर्हि प्राधान्यनिर्णयः कथं क्रियते? कश्चित् गुणः अथवा काचित् क्रिया स्वीकर्तव्या प्राधान्यस्य निर्णयार्थम्. तत्र उदाहरणं दत्तवन्तः राजदूतः इति तस्य विग्रहवाक्य अस्ति राज्ञः दूतः इति अत्र पदद्वयोर्मध्ये किं पदं प्राधान्यं लोके तु राजा अथवा दूत चिन्तयामः तर्हि राजा इति तारतम्यम् अस्ति परन्तु अत्र समासे तथा नैव वयं स्वीकरणीयं वयं तत् क्रियापद अथवा गुणपद योजयित्वा प्राधान्यस्य अर्थं ज्ञातव्यं तत्र राजदूतः गच्छति वदामः चेत् राजा नैव तत्र दूतः गच्छति तथा वयं ज्ञातव्यम्
उत्तमम् अत्र पश्यतु एकं वाक्यं लिखितमस्ति व्याकरणे प्राधान्यनिर्णयं तथा न क्रियते इत्युक्ते यद्यपि लोके राजा एव प्रधानः राज्ञः प्रामुख्यता अस्ति एव किन्तु व्याकरणलोके राजदूतः इत्यस्मिन् पदे दूतः गच्छति न तु राजा अहम् एकं वाक्यं वदामि अहं देवालयं गच्छामि इति वाक्यम् अस्ति देवालयं गच्छामि इति वाक्यम् अस्ति तत्र कस्य पदस्य प्राधान्यमस्ति देवालयम् इति समस्तपदं तत्र किञ्चित् विवृणोतु
आलयम् आलय अहं देवस्य आलयं तर्हि कुत्र गतवती देवालयं गतवती इति प्राधान्यम् अस्ति
तत्र देवालयः तत्र पश्यतु भगिनी देवालयः इति समस्तपदमस्ति किन्तु गम् धातुः सकर्मकधातुः अस्ति इति कृत्वा तत्र कर्मपदं भवति तस्मिन् वाक्ये अहं देवालयं गच्छामि तत्र देवालयः इति समस्तपदमस्ति तत्र द्वयोः पदयोः देव आलय द्वयोः पदयोः किं पदं क्रियया सह अन्वितः भवति अन्वितं भवति
कुत्र गच्छति आलयं गच्छति तर्हि आलयं प्राधान्यम् इति अहं मन्ये
देवस्य आलयं गच्छति
भगिनी भवती शृणोतु भगिनी अत्र देवालयः इति समस्तपदमस्ति तत्रापि आलय इति पदस्य प्राधान्यमेव अस्ति इत्युक्ते तत्रापि देवानाम् आलयः अथवा देवस्य आलयः इति तत्रापि उत्तरपदप्राधान्यं वर्तते तत्रापि षष्टितत्पुरुषसमासः इत्युक्ते तत्पुरुषसमासः अस्ति उत्तरपदप्राधान्यमस्ति चेत् तत्र तत्पुरुषसमासः इति वक्तुं शक्यते तथा एव पाण्डवाः कुरुक्षेत्रे युद्धं कृतवन्तः इति अस्ति चेत् तत्र कुरुक्षेत्रम् इति वदामश्चेत् कुरोः क्षेत्रम् अथवा कुरूणां क्षेत्रं तथा एव धर्मक्षेत्रम् इति वदामश्चेत् धर्मस्य क्षेत्रं
परिक्षेत्रं प्राधान्यं प्राप्यते
उत्तमम् तत्र
तथा वदनीयं उत्तरपदस्य प्राधान्यम् अस्ति
अस्ति उत्तमम् इत्युक्ते अत्र तादृशरीत्या एकं क्रियापदं योजयित्वा एकं वाक्यं निर्मीय तत्र प्राधान्यनिर्णयं कुर्मः तदर्थमेव अत्र उदाहरणं दत्तमस्ति उत्तमं सरला भगिनी भवती पठतु
अस्तु भगिनि क्रियाम् आश्रित्य प्राधान्यनिर्णयः समासे प्राधान्यस्य निर्णयार्थं समस्तपदेन सह क्रियावाचकस्य योजनं कुर्मः यथा राजदूतः इति पदेन सह गच्छति इति क्रियापदं योजयामः गच्छति इति पदं गमनक्रियां सूचयति इदानीं राजदूतः गच्छति इति वदामः चेत् अत्र कः गच्छति राजा गच्छति वा दूत गच्छति वा दूत एव गच्छति न तु राजा इति अवगम्यते दूतस्य एव गमनं विवक्षते. अतः राजदूतः इति समासे दूतः इत्यस्य एव प्राधान्यं, न तु राजा इति पदस्य. तर्हि अत्र समासे उत्तरपदस्य प्राधान्यम् अस्ति इति ज्ञायते. भगिनी यथा भवती उक्तवती तस्य अस्मिन् परिच्छेदे विवरणमस्ति. क्रियाम् आश्रित्य प्राधान्यनिर्णय कथं पूर्व वा उत्तरपद कस्य प्राधान्यं भवति समस्तपदे तस्य भवति क्रियाया आश्रित प्राधान्य. यस्य पदस्य क्रियाया सह क्रियया सह अन्वय अस्ति सम्बन्ध अस्ति तत् भवति क्रियाया आश्रितः. क्रिया भवति तस्य आधार इति भवति क्रियाम् आश्रित्य पदं तत् अस्ति तत् पदस्य अस्ति प्राधान्यम्. समासे प्राधान्यस्य निर्णयार्थं समस्तपदेन सह क्रियावाचकस्य योजनं कुर्मः. इदानीं क्रियावाचक यदि क्रिया यदि गच्छति अस्ति तत् भवति क्रियावाचकशब्दः. समस्तपदे क्रियावाचकशब्देन सह या क्रियया सह कः शब्दः सम्बन्ध करोति इति अस्माकं विवक्षा अस्ति. यथा उदाहरणमस्ति राजदूत इति पदेन सह गच्छति इति क्रियापदं योजयामः. यथा भवती उदाहरणं दत्तवती अहं देवालयं गच्छामि, देवालयं तस्य वयं गच्छामि इति पदं यदि समस्तपद स्वीकृत्य तस्मिन् तस्य क्रियया सह यदि वयं क्रिया योजयामः समस्तपदेन सह तदानीं प्रधानता उत्तरपदस्य अस्ति वा पूर्वपदस्य अस्ति या उभयपदस्य अस्ति वा अन्यपदस्य अस्ति इति ज्ञातुं सुलभता भवति. यदा राजदूतपदेन सं गच्छति योजयामः प्रश्न कुर्मः गच्छति योजनेन कः गच्छति यदि राजा गच्छति वा दूत गच्छति. वयं पूर्वं पूर्वस्मिन् परिच्छेदे दृष्टवन्तः विग्रहवाक्यस्ति राज्ञदूतः. राज्ञदूतः इति राजा गच्छति वा दूत गच्छति विवक्षा अस्ति दूत गच्छति न तु राजा गच्छति इति. यदि वयम् अस्माकं गमनम् अस्ति अवगमनम् अस्ति तदानीं वयं निश्चित निर्णयं कुर्मः दूतः गच्छति. सो राज्ञः दूत इति गच्छति. सो राजा राजदूत यदि समस्तपद भवति तस्मिन् दूतपद उत्तरपदम् अस्ति अतः तस्य प्राधान्यं भवति न तु राजापदस्य. सो अतः यदि उत्तरपद प्राधान्यं कथं निर्णेतुं भवति तस्य अत्र दत्तमस्ति.
उत्तमं भगिनी उत्तमम्. अत्र यद्यपि गच्छति इति क्रियापदमस्ति किमपि क्रियापदं स्वीकृत्य वयं तस्य निर्णयं कुर्मः खादति अथवा गच्छति अथवा पठति किमपि क्रियापदं भवितुमर्हति. तत्र अहं सरलभगिनी अहम् एकं पदं ददामि. देशसेवा इति एकं समस्तपदमस्ति. देशसेवा इत्यस्मिन् पदे एकं क्रियापदं योजयित्वा तत्र प्राधान्यनिर्णयं करोतु.
भगिनी देशसेवा करोति. अस्तु. सो देशसेवा करोति. सो देशकेरपि देश विग्रहवाक्यं भवति देशस्य सेवा इति भवति. सो देश करोति वा सेवा करोति इति यदि वयं प्रश्न पृच्छामः सो भगिनी सेवा करोति न तु देश करोति इति. सो देशस्य सेवा करोति इति भवति. देश सेवा इति भवति उत्तरपद, देश भवति पूर्वपद. तत्र देशसेवां न सेवा भगिनी.
उत्तमम् उत्तमम्. इत्युक्ते तत्र क्रूधातुः सकर्मकधातुः अस्ति इति कृत्वा तत्र देशसेवां करोति तत्र सेवां तस्मिन् वाक्ये कर्मपदं सम्भवति इत्युक्ते क्रूधातुः सकर्मकः. यथा भगिन्या उक्तं, धन्यवादः भगिनी, अत्र देशसेवा इत्यस्मिन् पदे अपि उत्तरपदस्य प्राधान्यं वर्तते. तदर्थमेव तत्रापि तत्पुरुषसमासः विशेषतया षष्ठी तत्पुरुषसमासः अस्ति. एतानि एतादृशानि पदानि बहूनि पदानि वयं जानीमः एव. उत्तमम्. अनन्तरम् अत्र गीताञ्जलि भगिनी भवती पठतु.
अहं पठितुं शक्नोमि परे परे
भवती पठति वा अधुना?
हा पठामि, गीताञ्जलि पठति न?
गीताञ्जलि भगिनी पठतु.
आं भगिनि, अधुना समासस्य प्रभेदान्
तस्मात् पूर्वं गुणम् आश्रित्य अपि प्राधान्यनिर्णयः भवति.
अस्तु अस्तु, क्षम्यतां भगिनि. गुणम् आश्रित्य प्राधान्यनिर्णयः समासे प्राधान्यस्य निर्णयार्थं समस्तपदेन सह गुणवाचकस्य योजनं कुर्मः. यथा राजदूतः इति पदेन सह सुन्दरः इति गुणं योजयामः, सौन्दर्यम् इति गुणः अस्ति. इदानीं राजदूतः सुन्दरः इति वदामः चेत् अत्र राजा सुन्दरः वा दूतः सुन्दरः वा? दूतः एव सुन्दरः. दूतस्य एव सौन्दर्यं विवक्ष्यते, अतः दूतः इत्यस्य एव प्राधान्यं वर्तते, न तु राजा इति पदस्य. तर्हि अत्र समासे उत्तरपदस्य प्राधान्यम् अस्ति इति ज्ञायते. अस्तु भगिनी, अत्र यथा पूर्वं वयं परिशीलयामः प्रधान अप्रधान निर्णयः कथं करणीयं, क्रियाम् आश्रित्य वा अपि च गुणम् आश्रित्य वा, द्विधा मार्गे स्तः.
अत्र द्विधा कर्तुं शक्यते,
मार्गद्वयम् अस्ति, द्विधा कर्तुं शक्यते. क्षम्यतां भगिनि,
चिन्ता मास्तु.
अत्र गुणम् आश्रित्य प्राधान्यनिर्णय, यदि किमपि वयं समस्तपदं किमपि गुणपदस्य योजयामः, यथा राजदूतः, अत्र एकम् उदाहरणं दत्तं, राजदूतः सुन्दरः, सुन्दरः राजदूतः इत्युक्ते सुन्दरः एकं गुणम् अस्ति, किन्तु अत्र राज सुन्दर अस्ति वा दूतः गुण दूतः सुन्दर अस्ति वा? अत्र तु दूत एव सुन्दर अस्ति. तदेव वयं जानीमः दूत एव प्राधान्यम् अस्ति अत्र समस्तपदे, इत्युक्ते अत्र राजदूत उदाहरण समये उत्तरपदस्य एव प्राधान्यम् अस्ति इति.
अत्र सीतापतिः उत्तमः इति तत्र प्रतिपादयतु.
सीतापतिः उत्तमः, उत्तमः अपि एकं गुणम् अस्ति उत्तमः. अत्र वयं प्रश्न करणीयं, सीता उत्तमं वा पतिः उत्तमं वा? सीता अत्र तु पतिः एव उत्तमम् अस्ति. तदनन्तरं वयं जानीमः पतिः एव प्राधान्यम् अस्ति अत्र, उत्तरपदं प्राधान्यम् अस्ति अत्र.
इत्युक्ते आहत्य तत्र प्राधान्यनिर्णयं द्विधा कर्तुं शक्यते, तत्र गुणमाश्रित्यापि प्रधानतायाः निर्णयं कुर्मः. अत्र अस्मिन् परिच्छेदे इतोपि किम् अस्ति अत्र? तावदेव अत्र. अग्रिमपरिच्छेदं पठतु.
अधुना समासस्य प्रभेदान् पश्यामः. भिन्नेषु समासेषु प्राधान्यं कथं भवति इति पश्यामः. स्मर्तव्यं यत् सर्वेषु प्रभेदेषु प्राधान्यस्य विषये प्रायेण इति उक्तं, यतोहि सर्वत्र अपवादाः सन्ति एव. अपवादानां चर्चा अग्रे भविष्यति. भिन्नभिन्नसमास अग्रे वयं परिशीलयामः इति दत्तं. वयं पूर्वम् इति ज्ञात्वा कथं प्रधान अप्रधाननिर्णयं करणीयम्, अधुना वयं अग्रे चर्चां कुर्मः. चर्चा किम् इत्युक्ते भिन्नेषु समासेषु प्राधान्यं भिन्नरीत्या, क्षम्यतां भगिनी, भिन्नरीत्या कथं कुर्मः इति.
उत्तमम्. इत्युक्ते आहत्य भिन्नेषु समस्तपदेषु भिन्न पदानां प्राधान्यं वर्तते. यदा पूर्वमेव लिखितमस्ति, कदाचित् उत्तरपदप्राधान्यं, कदाचित् पूर्वपदप्राधान्यं, कदाचित् द्वयोः पदयोः प्राधान्यं, कदाचित् द्वयोः पदयोः प्राधान्यमपि नास्ति इति उक्तमस्ति. किन्तु
अत्र अपवादः अपि अस्ति न भगिनि?
अत्र पश्यतु, अग्रिमे वाक्ये किं दत्तमस्ति, साधारणतया पूर्वपदार्थप्रधानः अव्ययीभावः इति वदामश्चेत् तत्र सर्वदा प्रायेण, प्रायशः इति वक्तव्यमस्ति. किमर्थं तस्य पदस्य प्राधान्यं किं, प्रायेण इति किमर्थं लिखितमस्ति इत्युक्ते, 90% तादृशरीत्या एव भवति, किन्तु कुत्रचित् अपवादाः सन्ति इति कृत्वा साधारणतया प्रायः उत्तरपदार्थप्रधानः तत्पुरुषः इति तत्र तादृशरीत्या अवगन्तव्यम्. इत्युक्ते प्रायः इत्युक्ते साधारणतया तथा भवति, किन्तु अपवादाः अपि सन्ति, किन्तु अपवादानां चर्चा अग्रे भविष्यति. आरम्भे साधारणनियमान् जानीमः, तदनन्तरं विशिष्टनियमान् ज्ञातुं शक्नुमः. उत्तमं, तावदेव. पुष्पा भगिनी पठतु.
अस्तु भगिनि. अव्ययीभावसमासः. अस्मिन् समासे पूर्वपदम् अव्ययं भवति, उत्तरपदं किमपि सुबन्तं पदं भवति. अव्ययीभावः द्वितीयपादे, द्वितीय अध्याये प्रथमपादे पञ्चमसूत्रम् इति सूत्रस्य, अव्ययीभावः इति सूत्रस्य अधिकारे अव्ययीभावसमासविधानं क्रियते. अनव्ययम् अव्ययम् इति, अनव्ययम् अव्ययं भवति इति अव्ययीभावसमासः. अव्ययीभावसमासंज्ञायाः विधानानन्तरं सम्पूर्णं समस्तपदम् अव्ययं भवति. नाम अव्ययीभावसमासेन निर्मितस्य शब्दस्य अव्ययम् इति संज्ञा भवति. अव्ययीभावश्च इति सूत्रेण प्रथम अध्याये अस्ति. प्रथमाध्याये प्रथमपादे एकचत्वारिंशत् मम संख्या न सम्यक् नास्ति. अस्मिन् समासे प्रायेण पूर्वपदार्थस्य प्राधान्यम् अस्ति. तदेव एतद् विषये एतत् सूत्रेण मया. अस्तु भगिनि. अव्ययीभावसमासः प्रथमसमासं दृष्टामः. अस्मिन् समासे पूर्वपदम् अव्ययं भवति, उत्तरपदं किमपि कोऽपि सुबन्तं पदम् अस्ति. अव्ययीभावः इति सूत्रस्य अधिकारे ये अव्ययीभावसमासस्य समासविधानं क्रियमाणः. अव्ययम् अनव्ययं क्षम्यताम् अनव्ययम् अव्ययं भवति. तत्तु सुबन्तपदम् अव्ययम् इति अव्ययं भवति इति अव्ययीभावसमासः इति वदति. अव्ययीभावसमाससंज्ञायाः विधानानन्तरं सम्पूर्णं समस्तपदम् अव्ययं भवति. तदेव अनव्ययम् अव्ययं भवति इति वदति. तत्तु अव्ययीभावसमासकृतं परे सम्पूर्णसमस्तपदम् अव्ययं भवति. नाम अव्ययीभावसमासेन निर्मितस्य शब्दस्य अव्ययम् इति संज्ञा भवति अव्ययीभावश्च इति सूत्रेण. तदेव अव्ययीभावसमासेन कोऽपि न शब्दः निर्मिताः तत्र सर्वे शब्दानि शब्दः तत् क्षम्यतां पुल्लिङ्गः शब्दः अव्ययम् इति संज्ञा भवति. संज्ञा तत्तु संज्ञासूत्रम् अस्ति. अव्ययीभावश्च संज्ञासूत्रं तत्तु अव्ययीभावः अधिकारसूत्रम्. अव्ययीभावसमासः विवरणं कृतम्. अस्मिन् समासे प्रायेण पूर्वपदार्थस्य प्राधान्यम् अस्ति. तत्तु अव्ययस्य प्राधान्यम् अस्ति इति. यथा वृक्षस्य समीपं
भगिनी अत्र किञ्चित् स्थगयतु. अत्र अव्ययीभावः इति अधिकारसूत्रमस्ति. इत्युक्ते तस्मिन् अधिकार समासप्रकरणे अव्ययीभावसमास अधिकारः प्रथमम् एतत् प्रथमं सूत्रम् अस्ति. अत्र वयं पुनः पश्यामश्चेत् पूर्वपदम् अव्ययं भवति इति एकः विषयः. पूर्वपदं सर्वदा अव्ययमेव भवति इति एकः विषयः. अनन्तरम् उत्तरपदं किमपि सुबन्तपदं भवितुम् अर्हति. अव्ययीभावः इति अधिकारसूत्रेण अव्ययीभावसमासविधानं क्रियते इति लिखितमस्ति. अत्र अनव्ययम् अव्ययं भवति इति लिखितमस्ति. अत्र
सुबन्तपदम् अव्ययम् आगच्छति.
इत्युक्ते अत्र अस्य वाक्यस्य अर्थः कः इति पश्यामश्चेत् यत्पदं पूर्वम् अव्ययं नास्ति तत्पदम् अधुना एकवारं समस्तपदनिर्माणस्य अनन्तरम् अव्ययपदं भवति. तत्र अव्ययीभावः इत्यस्मिन् पदे तत्र च्वि इति एकः प्रत्ययः अस्ति. अनव्ययम् अव्ययं कृत्वा इति वदामश्चेत् तत्र गतिसमासः अपि अस्ति.
अत्र अनव्ययं नै तत्पुरुष नै
नै तत्पुरुषसमासः अपि अस्ति अनव्ययम् इत्यस्मिन् पदे. अत्र अनव्ययम् इत्यस्मिन् नै समासः अस्ति. अपि च च्वि प्रत्ययः अव्ययीभावः तत्र. अपि च अहं चिन्तयामि अत्र गतिसमासयुक्तपदम् एतत् पदम् इति वयं चिन्तयितुं शक्नुमः. अव्ययम् इति एकं पदमस्ति. किन्तु साधारणतया अव्ययः इति पश्यामश्चेत् अव्ययः इति पदं शृणुमः चेत् अव्ययः इत्युक्ते यस्य व्ययः नास्ति इत्युक्ते अविनाशी विष्णुः इति अर्थः अस्ति. पश्यन्तु कीदृश अर्थभेदः दृश्यते. तत्र अव्ययम् इति भिन्नं पदं किन्तु अव्ययः इति पदं पश्यामश्चेत् तस्य अर्थः तु अविनाशी नित्यः इति अर्थः अस्ति तत्र. किन्तु अत्र अव्ययीभावसमासप्रसङ्गे इतोपि
अव्ययमेव सूचयति. अव्ययमेव सूचयति अव्ययीभावसमासे.
इत्युक्ते अत्र अव्ययीभावश्च इति सूत्रेण यत् पदं निर्मितमस्ति तस्य अव्ययसंज्ञा भवति, अपि च प्रायेण पूर्वपदार्थस्य प्राधान्यमस्ति इति लिखितमस्ति. अग्रे पठतु भगिनि.
यथा वृक्षस्य समीपम् इति वदनेन उपवृक्षम् इति अव्ययीभावसमासः. उपवृक्षम् इति वदने सः उपवृक्षं वसति, सः वृक्षस्य समीपं वसति. अत्र उप इति सर्व पूर्वपदस्य प्राधान्यम् अस्ति, अतः अव्ययीभावसमासः इति उच्यते. अव्ययीभावसमासः नपुंसकलिङ्गे भवति इत्यतः उपवृक्षम् इति अव्ययं नपुंसकलिङ्गे भवति. अव्ययीभावसमाससम्बन्धसूत्राणि द्वितीयपादे एक न द्वितीय अध्याये एकपादे पञ्चतः पञ्चमसूत्रात् आरभ्य द्वितीय अध्याये प्रथम पादे पादस्य एकविंशति सन्तः सन्ति
सूत्रपर्यन्तं
सन्ति.
कानि सन्ति अव्ययीभावसमाससम्बद्धसूत्राणि सन्ति?
समाससम्बद्धसूत्राणि.
अपि च अत्र अव्ययीभावश्च इति अव्ययीभावश्च इति संज्ञासूत्रमस्ति. तत्र तस्मिन् पदे पूर्वसूत्रात् अव्ययम् इति पदम् अनुवृत्तिरूपेण आयाति.
तत्तु पूर्वे परे अस्ति, तद् एक चत्वारिंशत् न
तत्र
न प्रथमापदे प्रथमाध्याय अस्तु.
अहं किञ्चित् वदामि अत्र.
हा वदतु.
प्रथमाध्याये साधारणतया संज्ञासूत्राणि दत्तानि, किन्तु अत्र अव्ययीभावश्च इति संज्ञासूत्रमस्ति. तत्र अव्ययीभावश्च तत्र अव्ययम् इति पदं पूर्वसूत्रात् आयाति इति मम चिन्तनं. पुनः पश्यामि. अनन्तरम् अत्र अव्ययीभावसमासप्रसङ्गे किञ्चित् आस्वादार्थं, सर्वेषाम् आस्वादार्थं कानिचन समस्तपदानि, अव्ययीभावसमासयुक्तपदानि वदामि. सर्वे चिन्तयन्तु तत्र तेषु पदेषु अव्ययीभावसमासः अस्ति वा. एकवारं चिन्तयन्तु. साधारणानि पदानि एव, वयं पुनः पुनः तानि पदानि उपयुज्महे. इत्युक्ते तत्र निर्विघ्नं इति एकं पदं, निर्विघ्नं इत्युक्ते विघ्नानाम् अभावः. तथा एव यथाशक्ति, यथामति, निर्जनं, निर्जनम् इत्युक्ते जनानाम् अभावः, प्रतिदिनं, प्रत्येकं, प्रतिदिनम् इति वदामश्चेत् दिनं दिनं प्रति, तथा एव प्रत्येकम्, एकम्
एकम्
एकम् एकं प्रति, तथा एव निर्भयम्, निर्भयम् इत्युक्ते भयस्य अभावः. यथेच्छम्, अहं कार्यं यथेच्छं करोमि इत्युक्ते इच्छाम् अनतिक्रम्य. तत्र यथा इति पदमस्ति चेत् अनतिक्रम्य इति विग्रहवाक्ये तत्पदं दृश्यते, इच्छाम् अनतिक्रम्य. तथा एव यथास्थानम् इत्युक्ते स्थानम् अनतिक्रम्य. यथाविधि, विधिम् अनतिक्रम्य, यथाविधि इत्युक्ते. तथा एव एकम् अन्यत् पदमस्ति निरामयम्, निरामयम् इत्युक्ते आमयानाम् अभावः. आमयम् इत्युक्ते संस्कृतभाषायां रोगः, व्याधिः इति अर्थः. निरामयम् इत्युक्ते आमयानाम् अभावः इत्युक्ते तत्र केषुचित् समस्तपदेषु अभावार्थे निर् इति अव्ययस्य उपयोगं कुर्मः. इत्युक्ते एतानि सर्वाणि पदानि वयं नित्यं तेषाम् उपयोगं कुर्मः, वयम् एतानि सर्वाणि जानीमः एव. किन्तु अत्र तु विषयः अस्ति अव्ययीभावसमासप्रसङ्गे पूर्वपदार्थप्राधान्यं वर्तते, तदर्थमेव अत्र उदाहरणं दत्तमस्ति. वाक्यम् एकवारं समस्तपदं योजयित्वा वाक्यं रचयामश्चेत् तदा वयं सुलभतया कस्य पदस्य प्राधान्यमस्ति इति विषयं सुलभतया अवगन्तुं शक्नुमः. तदर्थमेव सः उपवृक्षं वसति इति वाक्यं लिखितमस्ति. सः कुत्र वसति वदतु भगिनि. पुष्पा भगिनि,
क्षम्यतां भगिनि, एकवारं वदतु.
अत्र वाक्यं लिखितमस्ति सः उपवृक्षं वसति.
वृक्षस्य समीपे वसति
इत्युक्ते अत्र अत्र समीपम् इति पदस्य प्राधान्यमस्ति. समीपम् इति पदस्य प्राधान्यमस्ति. यद्यपि समीपम् इति पदं समस्तपदे नास्ति तथापि तस्य प्राधान्यम् अस्ति एव. इत्युक्ते तत्र समीपार्थे उप इति
उपस्य उपयोगम्
उपयोगं कुर्मः. अपि च अव्ययीभावसमासयुक्तं पदं सर्वदा अव्ययमेव भवति. अपि च
पूर्णतया
अव्ययीभावसमासः नपुंसकलिङ्गे एव भवति इति एकं वाक्यम् अस्ति. इत्युक्ते नपुंसकलिङ्गपदनिर्माणसमये यानि यानि कार्याणि भवन्ति तादृशानि कार्याणि एव प्रक्रियाकाले अव्ययीभावसमासप्रसङ्गे अपि तादृशानि कार्याणि भवन्ति इति कृत्वा अव्ययीभावसमासयुक्तं पदं नपुंसकलिङ्गपदं भवति इति विषयः. अत्र अरविन्दमहोदय भवान् पठतु अग्रे.
तत्पुरुषसमासः. तत्पुरुषसमासे प्रायः उत्तरपदार्थस्य प्राधान्यं भवति. तत्पुरुषसमासस्य चत्वारः भेदाः सन्ति. सामान्यतत्पुरुषसमासः कर्मधारयः द्विगु नञ् प्रभृतयः चेति. अग्रे
पठतु महोदय.
सामान्यतत्पुरुषसमासे पूर्वपदे षट् विभक्तः भवितुम् अर्हति. तदनुसृत्य सामान्यतत्पुरुषसमासः षड्विधः. द्वितीयतत्पुरुषसमासः, तृतीयतत्पुरुषसमासः, चतुर्थीतत्पुरुषसमासः, पञ्चमीतत्पुरुषसमासः, षष्टितत्पुरुषसमासः, सप्तमीतत्पुरुषसमासः चेति. अष्टाध्याय्यां प्रथमातत्पुरुषसमासः नास्ति. यद्यपि तादृशव्यवहारः लोके दृश्यते. लोके यः प्रथमातत्पुरुषसमासः इति उच्यते सः वस्तुतः षष्टितत्पुरुषसमासस्य अपवादः अस्ति. एतेषां विवरणं तत्पाठे वक्ष्यते. तत्पुरुषसमासस्य विवरणम् अत्र दत्तम्. तत्पुरुषसमासे प्रायेण उत्तरपदस्य प्राधान्यं वर्तते. तत् चतुर्विधाः. सामान्यतत्पुरुषसमासः कर्मधारयः द्विगु नञ् प्रभृतयः इत्यादि इति चतुर्विधम् अस्ति. तस्मिन् सामान्यतत्पुरुषसमासः षड्विधः विभिज्यते. तेषां नामः द्वितीयतत्पुरुष, तृतीया, चतुर्थी, पञ्चमी, षष्टी, सप्तमी इत्यादयः. अष्टाध्यायी ग्रन्थे प्रथमतत्पुरुषसमासः न दृश्यते. किन्तु लोके प्रथमतत्पुरुषसमासः इति उच्यते. या वस्तुतः षष्टितत्पुरुषसमासस्य एक अपवादरूपम् अस्ति. एतेषां विवरणम् अग्रे पश्यामः.
अत्र किञ्चित् वदामि. अत्र तत्पुरुषसमासे उत्तरपदप्राधान्यं वर्तते इति वयं दृष्टवन्तः. तदर्थं कानिचन उदाहरणानि अपि दृष्टवन्तः. यथा देशसेवा अथवा सीतापतिः एतेषु पदेषु तत्र क्रियापदं योजयित्वा तस्य प्राधान्यनिर्णयमपि वयं कृतवन्तः. तत्र तत्पुरुषसमासे अपि प्रायः पश्यन्तु प्रायः इति लिखितम् अस्ति. इत्युक्ते साधारणतया तथा भवति, किन्तु कुत्रचित् अपवादाः सन्ति इति विषयः. पुनः आरम्भे समासः चतुर्विधः इति लिखितमस्ति, किन्तु तत्र प्रथमप्रकारकः अव्ययीभावसमासः, द्वितीयप्रकारकः तत्पुरुषसमासः. इत्युक्ते समासप्रकरणे ईदृशरीत्या सूत्राणि दत्तानि, तदर्थमेव द्वितीयप्रकारकः तत्पुरुषसमासः. अष्टाध्याय्यां सूत्राणि तथा सन्ति. तत्पुरुषसमासे अपि चत्वारः प्रभेदाः सन्ति. इत्युक्ते तत्र सामान्यतत्पुरुषसमासः इति प्रथमप्रकारकः. साधारणतया सामान्यतत्पुरुषसमासप्रभेदान् पश्यामश्चेत् तत्र सप्तप्रभेदाः सन्ति. इत्युक्ते कथम् इत्युक्ते पूर्वपदस्य विभक्तिम् आधारीकृत्य तत्र सप्तप्रकारकाः सन्ति. तत्र द्वितीया तत्पुरुषसमासः, तृतीया तत्पुरुषसमासः, चतुर्थी तत्पुरुषसमासः, पञ्चमी तत्पुरुषसमासः, षष्ठी तत्पुरुषसमासः, सप्तमी तत्पुरुषसमासः. किन्तु प्रथमा तत्पुरुषसमासः इति नास्ति. इत्युक्ते तस्य नाम तथा नास्ति. इत्युक्ते सः प्रथमा तत्पुरुषसमासः षष्ठी तत्पुरुषसमासस्य अपवादः एव. इत्युक्ते एतावता प्रथमा तत्पुरुषसमासः इति नाम नादीयते तत्र. तादृशव्यवहारः इत्युक्ते तादृशरीत्या जनैः उच्यते एव, किन्तु तादृशरीत्या तत्र नास्ति. अत्र प्रथमा तत्पुरुषसमासः वा अथवा षष्ठीतत्पुरुषस्य अपवादः इति उक्तमस्ति. तदर्थम् एकम् उदाहरणं वदामि. साधारणं पदमेव, वयं सर्वे जानीमः एव, उत्तरभारतम् अथवा दक्षिणभारतम् इति समस्तपदमस्ति. उत्तरभारतं तत्र विग्रहवाक्यं कथं वक्तव्यम्? उत्तरं भारतस्य इति वक्तव्यम्. उत्तरं भारतस्य. तत्र यद्यपि तथा प्रथमातत्पुरुषसमासः अस्ति इति भाति, किन्तु प्रथमातत्पुरुषसमासः इति न वदामः. सः समासः तत्र केवलं षष्ठीतत्पुरुषसमासस्य अपवादः इति अवगन्तव्यं. तथा एव दक्षिणभारतम् इति समस्तपदमस्ति. तत्र विग्रहवाक्यं कथम् उच्यते? दक्षिणं भारतस्य इति वक्तव्यमस्ति.
तत्र प्राधान्यम् उत्तरपदं वा या
उत्तरपदम् इत्युक्ते तत्र तत्पुरुषसमासे उत्तरपदप्राधान्यम् अस्ति, किन्तु अत्र षष्ठीतत्पुरुषस्य अपवादः अस्ति इति कृत्वा उत्तरं भारतस्य उत्तरं, तत्र उत्तरम् इति पदस्य प्राधान्यमेव अस्ति. इत्युक्ते तत्र अपवादः अस्ति इति कृत्वा यद्यपि तत्पुरुषसमासे उत्तरपदप्राधान्यम् अस्ति, किन्तु अस्मिन् पदे पूर्वपदप्राधान्यमस्ति. दक्षिणभारतम्, उत्तरभारतं, तथा एव अर्धराज्यम् इति एकं पदमस्ति. अर्धराज्यम् इति समस्तपदमस्ति चेत् तत्र विग्रहवाक्यं कथं वदामः? राज्यस्य अर्धभागः, राज्यस्य अर्धम् इति विग्रहवाक्यं भवति. तथा एव अर्धफलम् इति एकं समस्तपदमस्ति. तत्रापि विग्रहवाक्यं फलस्य अर्धम् इति वक्तव्यमस्ति. इत्युक्ते एतावत्पर्यन्तं वयं तत्पुरुषसमासे उत्तरपदप्राधान्यमस्ति इति पठन्तः स्मः, किन्तु विशेषतया एतादृशेषु पदेषु उत्तरपदप्राधान्यं नास्ति. किन्तु प्रथमातत्पुरुषसमासः इति जनाः वदन्ति, किन्तु तस्य नाम प्रथमातत्पुरुषः नास्ति, केवलं षष्ठीतत्पुरुषस्य अपवादः इति वक्तुं शक्यते. अपि च अत्र द्वितीयतत्पुरुषसमासप्रसङ्गे वयम् एकं पदं दृष्टवन्तः, ग्रामगतः. तत्र सूत्रे गत इति पदमस्ति इति कृत्वा तत्र द्वितीया तत्पुरुषसमासः ग्रामं गतः. तथा एव अन्यत् पदमस्ति, गृहं गतः. गृहं गतः इति विग्रहवाक्यं, तत्र समस्तपदं गृहगतः. तथा एव तृतीया तत्पुरुषसमासप्रसङ्गे साधारणं पदं, क्षीरान्नं, दध्योदनं, गुडमिश्रः एतादृशानि पदानि तृतीया तत्पुरुषसमासस्य कृते परिचितानि उदाहरणानि. इत्युक्ते क्षीरान्नम् इति वदामश्चेत् तत्र क्षीरेण अन्नं, दध्योदनः इत्युक्ते दध्ना ओदनः, इत्युक्ते पूर्वपदस्य विभक्तिः तृतीया विभक्तिः अस्ति. यदा वयं समस्तपदं निर्मामः तदा पूर्वपदस्य विभक्तिलोपः भवति. तदा अपि च कालिदासविरचितम् इति समस्तपदमस्ति. तत्र विग्रहवाक्यं किं भवति? कालिदासेन विरचितम्. ईदृशानि पदानि. तथा एव मदान्धः इत्युक्ते मदेन अन्धः. इत्युक्ते एतावता पूर्वपदस्य विभक्तिः तृतीया विभक्तिः भवति. तथा एव चतुर्थी तत्पुरुषसमासप्रसङ्गे बहूनि पदानि वयं जानीमः एव. किमर्थं, तत्र किमर्थम् इत्यस्मिन् पदे विग्रहवाक्यं कस्मै इदं, तदर्थं, तस्मै इदम्, अहं भोजनार्थम् इति वदामश्चेत् भोजनाय इदम्, दानार्थम् इत्युक्ते दानाय इदम्. अपि च लोकहितम् इति एकं पदमस्ति. लोकहितम् इत्यस्मिन् पदे किञ्चित् प्रयत्नं करोतु महोदय, तत्र कीदृशसमासः अस्ति? लोकहितं,
लोकाय हितम्.
हा उत्तमं, लोकाय हितम् अथवा लोकेभ्यः हितम्, द्वयमपि साधु एव. लोकेभ्यः हितमपि. तथा एव भूतबलिः, भूतेभ्यः, भूतेभ्यः बलिः. किमर्थमित्युक्ते तत्र चतुर्थी तत्पुरुषसमासप्रसङ्गे तत्र विधायकसूत्रमस्ति. विधायकसूत्रे तत्र बलि, हित, रक्षित एतादृशानि पदानि सन्ति. अपि च पञ्चमी तत्पुरुषसमासविषये वयं दृष्टवन्तः, तत्र सिंहभीतं. वदतु भगिनि.
भयं भवति खलु,
पञ्चमी भयेन. तत्र त्रीणि पदानि भवितुम् अर्हन्ति. तत्र त्रीणि पदानि कानि? भयं, भीतिः, भीः. एतानि त्रीणि पदानि उत्तरपदानि सन्ति चेत् तत्र एकं वार्तिकमस्ति. तेन वार्तिकेन एतानि त्रीणि पदानि एतेषु त्रिषु पदेषु अन्यतमं पदं भवितुमर्हति. तत्र चोरभयम्, अपि च परीक्षाभयम् अपि, इत्युक्ते परीक्षायाः भयम् इति अपि वक्तुं शक्यते तत्र. वदतु महोदय. करोनाभयम्. उत्तमं. षष्टि तत्पुरुषसमासप्रसङ्गे वयं बहूनि उदाहरणानि वयं दृष्टवन्तः. अपि च सप्तमी तत्पुरुषसमासप्रसङ्गे साधारणं पदं वेदपण्डितः इति एकं पदमस्ति. वेदपण्डितः
इत्युक्ते
वेदे पण्डितः इति. तथा एव शास्त्रकुशलः, तत्र शास्त्रे कुशलः. पाकनिपुणः. किमर्थमित्युक्ते सप्तमी तत्पुरुषसमाससूत्रे तत्र निपुण, तत्र कुशल एतादृशानि पदानि सन्ति चेत् तत्र सप्तमी तत्पुरुषः भवति. अत्र तु अग्रे गत्वा वयम् इतोपि उदाहरणानि परिशीलयिष्यामः अग्रे.
एकः प्रश्नः अस्ति. वयं वक्तुं शक्नुमः वा यत् यत्र यत्र उत्तरपदस्य विभक्त्याः लोपः भवति तत् प्रथम तत्पुरुष इति? यत्र उत्तरभारत तत्र उत्तरपदस्य लोप विभक्त्याः लोपं लोपः जातः
तत्र,
तथा वक्तुं शक्नुमः वा?
फार्
ऐडेण्टिफिकेशन् निर्णयार्थं
इत्युक्ते
निर्णयार्थं यत्र
वदतु.
यत्र यत्र उत्तरपदस्य विभक्त्याः लोपः जातः तत्र प्रथम तत्पुरुषः अस्ति, षष्ठी तत्पुरुषस्य अपवादः इति वक्तुं शक्नुमः वा? केन् वि कम् टु देट् कन्क्लूजन्?
तादृशरीत्या चिन्तयितुं शक्नुमः, किन्तु तत्र अत्र स्पष्टतया लिखितमस्ति षष्ठी तत्पुरुषसमासस्य अपवादः इति एव वक्तुं शक्यते. पश्यतु तत्र विग्रहवाक्यं कथमस्ति, दक्षिणं भारतस्य इति विग्रहवाक्यं भवति. इत्युक्ते यदा वयं विग्रहवाक्यं पश्यामश्चेत् षष्ठी तत्पुरुषसमास सन्दर्भे यादृशरीत्या विग्रहवाक्यं लिखामः तथा अस्ति इति चिन्तयितुं शक्नुमः, किन्तु तथा नास्ति. सीतापतिः इव नास्ति. तदर्थमेव तत्र अपि च यथा महोदयेन उक्तम् अत्र उत्तरपदप्राधान्यं नास्ति, पूर्वपदप्राधान्यमेव अस्ति. दक्षिणं भारतस्य, अहं दक्षिण
तदर्थम् अहं पृष्टवती, तदर्थम् अहं पृष्टवती. सर्वत्र अपि भवती उदाहरणाः उदाहरणान् दत्तवती, तत्र पूर्वपदस्य एव षष्ठी विभक्ति आसीत् सन्ति आसीत् और् आसन् आसन्. परन्तु प्रथमा विभक्ति प्रथमा तत्पुरुषस्य उदाहरणे आदौ षष्ठी तत्पुरुष उत्तरपदस्य एव
इत्युक्ते अधुना कथं कथं स्वीकुर्मः इत्युक्ते षष्ठी अधुना यदा वयं इतोपि विस्तरेण पठामः तदा वयं तस्मिन् विषये इतोपि अवगन्तुं प्रयत्नं कुर्मः. इदानीं केवलं षष्ठी तत्पुरुषसमासस्य अपवादः इति एव स्वीकुर्मः.
वदतु, अत्र वयं पश्यामः चेत् द्वितीयतत्पुरुष पूर्वपदं द्वितीयविभक्त्यां भवति, तृतीयतत्पुरुषे तु पूर्वपदं तृतीयविभक्त्यां भवति, षष्टि भवति. इदानीं प्रथम तत्पुरुष तत्र किमर्थं पदद्वयोः प्रथमा विभक्त्यां न भवति इत्युक्ते इदानीं तु पठामः चेत् तत्र नीलमेघः नीलः मेघः अस्ति, नीलमेघः इति समासपदम् अस्ति. तत्र मेघः अपि प्रथमा विभक्ति, नीलः अपि प्रथमा विभक्ति. किमर्थं तत्
अग्रे आयास्यति भगिनी, अग्रे अग्रे पठामः, अग्रे गन्तव्यम् अत्र किञ्चित् पठतु महोदय, अग्रिमपरिच्छेदं पठतु. कर्मधारयसमासः तत्पुरुषसमासस्य एव भेदः.
कर्मधारयसमासः तत्पुरुषसमासस्य एव भेदः अस्ति. कर्मधारयसमासे पूर्वपदम् पूर्वपदम् उत्तरपदं च अपि प्रथमा विभक्त्यन्तं भवति. तत्पुरुषसमासे यदा द्वयोः पदयोः समानाधिकरण्यं वर्तते तदा तस्य कर्मधारयसंज्ञा क्रियते, यथा सुन्दरः पुरुषः. अस्मिन् उदाहरणे समानविभक्तित्वम् अपि अस्ति, एकार्थबोधकत्वम् अपि अस्ति. नामद्वौ अपि शब्दौ प्रथमान्तौ स्तः, अतः तयोः समानविभक्तित्वं, तथा च द्वयोः अपि अर्थः सः पुरुषः, अतः एकार्थबोधकत्वम् अपि अस्ति. समानविभक्तित्वम् अपि अस्ति, एकार्थबोधकत्वम् अपि अस्ति, तथा सामानाधिकरण्यम् अस्ति. अत्र कर्मधारयसमासस्य विवरणं दत्तम्. कर्मधारसमासे पूर्वपदम् उत्तरपदं च द्वौ प्रथमाविभक्त्यन्तं भवति. तयोः पदयोः समानाधिकरण्यं वर्तते, समानाधिकरण्यं वर्तते कर्म यदा सुन्दरः पुरुषः अस्मिन् उदाहरणे समानविभक्त्यन्तम् अपि सुन्दरः प्रथमान्तं पुरुषः इति प्रथमान्तम् अस्ति. द्वयोः एक अर्थं बोधकं वर्तते, सुन्दरः पुरुषः, पुरुषः एव सुन्दरः. नाम द्वौ अपि शब्दौ प्रथमान्तौ स्तः, अतः तयोः समानविभक्तित्वं दृश्यते. तथा द्वयोः अपि अर्थः सः पुरुषः, अतः एकार्थबोधकत्वम् अपि अस्ति. समानविभक्तित्वं तदा एकार्थबोधकत्वम्.
अत्र पदमस्ति समानविभक्तिकत्वम्.
समानविभक्तिकत्वं
पठतु, वदतु.
समानविभक्तिकत्वं, समानविभक्तिकत्वं तदा एकार्थबोधकत्वम् अपि अस्ति चेत् तस्य कर्मधारयसमासः इत्युच्यते.
इत्युक्ते अत्र कर्मधारयसमासः इति भिन्नः नास्ति, केवलं तत्पुरुषसमासे एव एकः प्रभेदः. पूर्वं वयं किं दृष्टवन्तः? सामान्यतत्पुरुषसमासः इति एकः प्रभेदः, तस्मिन् पुनः सप्तप्रभेदाः सन्ति इति वयं दृष्टवन्तः. तत्पुरुषसमासे एव द्वितीयप्रकारकः समासः एव कर्मधारयसमासः. अत्र वैशिष्ट्यं किम् इत्युक्ते अस्मिन् कर्मधारयसमासे उत्तरपदस्य पूर्वपदस्य विभक्तिः समाना भवति. इत्युक्ते द्वयोः पदयोः विभक्तिः समाना, अत्र प्रथमाविभक्त्यन्तं पदमेव अस्ति. उदाहरणार्थं सुन्दरपुरुषः इति पदं दत्तमस्ति. तत्र सुन्दरपुरुषः इति पदं पश्यामश्चेत् तस्मिन् पुरुषे सौन्दर्यमस्ति अपि च पुरुषत्वम् अस्ति. इत्युक्ते द्वयोः तत्र समानविभक्तिकत्वम् अस्ति. यत्र यत्र समानविभक्तिकत्वम् अस्ति अपि च एकार्थबोधकत्वम् इत्युक्ते तत्र एकमेव पदार्थं बोधयति. तत्र सुन्दरपुरुषः इत्युक्ते एकः पुरुषः इत्युक्ते द्वयोः पदयोः वर्णनं वर्णनं कृत्वा इत्युक्ते वर्णनं एकमेव पुरुषं सूचयति. तदर्थमेव अत्र पदद्वयमपि प्रथमाविभक्त्याम् अस्ति, अपि च तत्र समानविभक्तिकत्वम्. अत्र लक्षणद्वयमस्ति, समानविभक्तिकत्वम् एकार्थबोधकत्वं. तादृशरीत्या अस्ति चेत् तत्र कर्मधारयसंज्ञा दीयते. तदेव अत्र समानाधिकरण्यम् इति एकं पदमस्ति. समानाधिकरणस्य भावः समानाधिकरण्यं. तत्र तत्पदमपि तत्पदमपि म्यूट् कृतवती जगन्नाथ महोदय. तत्र शब्दः अस्ति. अत्र सामानाधिकरण्यम् इति तद्धितप्रत्ययान्तपदम्. एतावता कर्मधारयसमासे एकार्थबोधकत्वं समानविभक्तिकत्वम् अस्ति इति कृत्वा तत्र सामानाधिकरण्यं वर्तते. यत्र यत्र सामानाधिकरण्यमस्ति तत्र कर्मधारयसमासः भवति. अत्र कर्मधारयसमासे अपि पुनः नवप्रभेदाः सन्ति. धन्यवादः महोदय. सूर्यकुमारी भगिनी भवती पठतु, अत्र कर्मधारयसमासप्रभेदान् पठतु.
हा भगिनि, कर्मधारय अस्मिन् उदाहरणेन वस्तुतः कर्मधारसमासः नवविधः. विशेषणपूर्वपदः कर्मधारयः, विशेषणोत्तरपदः कर्मधारयः, विशेषणोभ्यपदः कर्मधारयः, उपमानपूर्वपदः कर्मधारयः, उपमानोत्तरपदः कर्मधारयः, अवधारणापूर्वपदः कर्मधारयः, सम्भावनापूर्वपदः कर्मधारयः, मध्यमपदलोपी कर्मधारयः, मयूर व्यंसकादिः
मयूरव्यंसकादयः मयूरव्यंसकादयः इति
एतेषां विवरणम् अग्रे सूत्रसहितं वक्ष्यते.
अत्र किञ्चित् वदामि. प्रथमप्रकारकः अस्ति विशेषणपूर्वपदकर्मधारयसमासः. साधारणतया वयं विशेषणपूर्वपदकर्मधारयसमासयुक्तपदानि बहूनि पदानि वयं जानीमः एव. तत्र सुन्दरपुरुषः, अहं कानिचन पदानि वदामि. सुन्दरगृहं, मधुरफलं, शुद्धजलम्, एतानि पदानि विशेषणपूर्वपदकर्मधारयसमासः अस्ति एतेषु. अपि च अन्यानि पदानि महाभारतं, महाकाव्यं, महाकविः, महानगरं, महाभाष्यं, कृष्णफलकं, विशालगृहम्, एतादृशेषु पदेषु विशेषणपूर्वपदकर्मधारयसमासः अस्ति. महाभारतम् इत्यस्मिन् पदे विशेषणपूर्वपदकर्मधारयसमासः अस्ति. कथं विग्रहवाक्यं भवति? महत् भारतं. महाकविः इति वदामश्चेत् महान् कविः. तत्र समानविभक्तिकत्वमस्ति, एकार्थबोधकत्वमस्ति इति कृत्वा तत्र विशेषणपूर्वपदकर्मधारयसमासः अस्ति इति अवगन्तुं शक्यते. भवती किञ्चित् प्रतिपादयतु. अत्र शुद्धजलं, शुद्धजलम् इति पदे एकार्थबोधकत्वं तत् सामानाधिकरण्यं प्रतिपादयतु.
शुद्धजलं, शुद्धं जलं,
शुद्धं जलं विग्रहवाक्यं भवति. इत्युक्ते जले शुद्धत्वम् अस्ति. इत्युक्ते एकमेव पदार्थं बोधयति तेन. तत्र विशेषणपूर्वपदकर्मधारयसमासः अस्ति. विशेषण उत्तरपदकर्मधारयसमासः इत्युक्ते तत्र उत्तरपदं विशेषणं भवति, किन्तु तत्रापि समानविभक्तिकत्वमेव अस्ति. तृतीयप्रकारकः विशेषण उभयपदकर्मधारयसमासः. इत्युक्ते द्वयोः पदयोः विभक्तिकत्वं समानविभक्तिः अस्ति, अपि च पदद्वयमपि तस्मिन् पदे समस्तपदद्वयमपि विशेषणमेव. अपि च उपमानपूर्वपदकर्मधारयः इत्युक्ते उपमानं, वयम् एतत् सर्वम् अग्रे पठिष्यामः. अपि च अत्र सम्भावनापूर्वपदकर्मधारयसमासः इति लिखितमस्ति. अत्र भारतदेशम् इति पदमस्ति चेत् तत्र सम्भावनापूर्वपदकर्मधारयसमासः अस्ति. कथं वक्तव्यं? भारतम् इति देशः इति वक्तव्यं. तत्र भारतदेशम् इत्यस्मिन् सम्भावनापूर्वपदकर्मधारयसमासः अस्ति. अपि च हिमालयपर्वतः इति वदामश्चेत् हिमालयः इति पर्वतः. तथा एव देहलीनगरम् इति वदामश्चेत् देहली इति नगरं. तत्र इति पदं श्रूयते सम्भावनापूर्वपदकर्मधारयसमासे. तथा एव अवधारणापूर्वपदकर्मधारयसमासः. अवधारणापूर्वपदकर्मधारयसमासे एव इति पदं दृश्यते. उदाहरणार्थं विद्याधनं, विद्या एव धनम्. तथा इत्युक्ते ज्ञानाग्निः, इत्युक्ते ज्ञानम् एव अग्निः. तादृशानि पदानि, तादृशेषु पदेषु अवधारणपूर्वपदकर्मधारयसमासः अस्ति. मध्यमपदलोपी, एतदपि वयं जानीमः एव. तस्य उदाहरणार्थं तत्र कोदण्डरामः इत्यस्मिन् पदे इति पदस्य विग्रहवाक्यं कथं लेखनीयम् इत्युक्ते कोदण्डधरः रामः. यद्यपि तत्र धरः इति पदं तस्मिन् समस्तपदे नास्ति, इत्युक्ते मध्यमपदस्य लोपः भवति तत्र. कोदण्डधरः रामः एव कोदण्डरामः इति भवति. मयूरव्यंसकादयः इति अपि एक विध कर्मधारयसमासः. इत्युक्ते एतावत् कर्मधारयसमासे द्वयोः पदयोः विभक्तिः समाना, अपि च समानाधिकरण्यं दृश्यते तत्र. द्विगुसमासप्रसङ्गे पठतु भगिनि.
दिगसमासः अपि तत्पुरुषसमासस्य एव भेदः. यदा कर्मधारे समासे पूर्वपदं संख्यावाचकं भवति तदा तस्य द्विगुसंज्ञा भवति. द्विगुसमासस्य तिस्रः संज्ञाः भवन्ति तत्पुरुषसंज्ञा, कर्मधारे संज्ञा, द्विगुसंज्ञा चेति. यथा त्रिलोकी त्रयाणां लोकानां समाहारः इति. द्विगुसमासः त्रिविधाः. तत्पुरुषसंज्ञा, कर्मधारे संज्ञा, द्विगुसंज्ञा अपि.
इत्युक्ते अत्र किञ्चित् वदामि. अत्र यथा अत्र भगिनी न लिखितवती, किन्तु अत्र द्विगुसमासे अपि त्रयः प्रभेदाः सन्ति. समाहारद्विगु द्विगुः, उत्तरपदद्विगुः, तद्धितार्थद्विगुः नाम्ना त्रयः प्रभेदाः सन्ति द्विगुसमासे अपि. किन्तु अस्माकम् अवगमनार्थं भगिनी त्रिलोकी इति पदं दत्तवती. अत्र त्रिलोकी इत्यस्मिन् पदे समाहारद्विगुसमासः अस्ति. अत्र विग्रहवाक्यं कथं वक्तव्यं पुनः वदतु भगिनि. अत्र इत्युक्ते समाहारद्विगुसमासे विग्रहवाक्यं कथं भवति इत्युक्ते त्रयाणां लोकानां समाहारः. तत्र सर्वत्र समाहारः समाहारः इति पदं विग्रहवाक्ये श्रूयते. इत्युक्ते अहम् एकं पदं वदामि, पञ्चाङ्गम् इति पदं.
पञ्चाङ्गानि
कथं वक्तव्यम् इत्युक्ते अहं वदामि, पञ्चाङ्गम् इति पदम् अपि समस्तपदं. तत्रापि द्विगुसमासः अस्ति, तत्र समाहारद्विगुसमासः अस्ति. पञ्चानाम् अङ्गानां समाहारः पञ्चाङ्गम्. अपि च सप्ताहः साधारणं पदमेव, सप्ताहः इति पदं, भागवतसप्ताहः एतादृशं पदं वयं जानीमः एव. सप्ताहः इत्यस्मिन् पदे अपि समाहारद्विगुसमासः अस्ति. सप्तानाम् अह्नां समाहारः तथा एव पञ्चवटी, पञ्चानां वटानां समाहारः पञ्चवटी. ईदृशानि पदानि द्विगुसमासस्य कृते उत्तमानि उदाहरणानि. द्विगुसमासे अपि प्रभेदाः सन्ति, किन्तु अत्र समाहारद्विगुसमासस्य प्रसङ्गे लिखितमस्ति. इत्युक्ते अत्र द्विगुसमासप्रसङ्गे तिस्रः संज्ञाः दीयन्ते इति लिखितमस्ति. इत्युक्ते तस्य अर्थः कः, कोऽपि विवृणोति वा? अत्र तिस्रः संज्ञाः भवन्ति.
प्रथमं संख्यावाक्यं भगिनि
वदतु वदतु. अत्र भवती इच्छति चेत् प्रतिपादयतु. अत्र पञ्चाङ्गं, पञ्चाङ्गम् इति पदमस्ति चेत् तत्र समाहारः, समाहारः तत्र तिस्रः संख्या, तिस्रः संज्ञाः दीयन्ते इति अर्थः कः इत्युक्ते तत्र पञ्चानाम् अङ्गानां समाहारः इत्यस्मिन् पदे पञ्च इति पदं पूर्वपदमस्ति, अपि च संख्यावाचकपदमस्ति इति कृत्वा द्विगुसंज्ञा दीयते. अपि च द्वितीयसंज्ञा का, कर्मधारयसंज्ञा. कर्मधारयसंज्ञा इत्युक्ते तत्र समानविभक्तिकत्वम् अपेक्षितमस्ति. इत्युक्ते पञ्चानाम् अङ्गानां समाहारः, पञ्चानाम् अङ्गानां तत्र अत्र
पश्यतु
विशेषणविशेष्यभावः अस्ति, समानविभक्तिकत्वम् अस्ति, अपि च एकार्थबोधकत्वम् अस्ति. त्रयाणां लोकानां तत्र षष्टिद्विवचनं, षष्टिबहुवचनं
उक्तमस्ति.
इत्युक्ते तत्र तादृशरीत्या कर्मधारयसंज्ञा दीयते. कर्मधारयसंज्ञा दीयते इत्युक्ते यत्र समानाधिकरण्यम् अस्ति तत्र कर्मधारयसंज्ञा एव भवति. अपि च तत्पुरुषसंज्ञा कथं दीयते इत्युक्ते तत्र त्रिलोके वदतु
उत्तरपदस्य तत्पुरुषः
इत्युक्ते तत्र उत्तरपदप्राधान्यमपि वर्तते. एतावता तत्र उत्तरपदप्राधान्यं वर्तते, सामानाधिकरण्यं वर्तते, अपि च संख्यावाचकपदं पूर्वपदम् अस्ति इति कृत्वा तत्र तिस्रः संज्ञाः दृश्यन्ते द्विगुसमासप्रसङ्गे इति विषयः. अग्रे पठतु भगिनि.
प्रभृतयः इति प्रभेदे एते समासाः अन्तर्भवन्ति. नन्समासः, कृस्समासः, कुसमासः, गतिसमासः, प्रादिसमासः, उपपदसमासः चेति.
इत्युक्ते अत्र अन्यप्रभेदः उपरि पश्यतु भगिनी. अत्र किं लिखितमस्ति, तत्पुरुषसमासस्य प्रभेदाः एव एते सर्वे. तत्र प्रथमतया इत्युक्ते प्रथमतया सामान्य तत्पुरुषसमासः अस्ति, अनन्तरं कर्मधारयसमासः अस्ति, अनन्तरं द्विगुसमासः, अधुना नञ् प्रभृतयः इत्युक्ते. किन्तु प्रत्येकस्मिन् समासे पुनः पुनः प्रभेदाः दृश्यन्ते. अत्र नञ् प्रभृतयः इति तत्पुरुषसमासस्य चत्वारः प्रभेदः अस्ति. नञ् प्रभृतिषु अपि पुनः पञ्चप्रभेदाः दृश्यन्ते. नञ् समासः वयं जानीमः एव, असत्यम्, अधर्मः, अज्ञानम्, अहिंसा, अनादिः, एतादृशानि पदानि नञ् समासस्य कृते उदाहरणानि. कुसमासः, कुसमासः इत्युक्ते तत्र अन्तर्भवति. कुसमासः इति तत्र उदाहरणमस्ति, कुपुरुषः अथवा का पुरुषः अथवा कदन्नं, कदश्वः. वयम् अग्रे गत्वा
सुपुरुषः
न न भगिनि न तथा न. अत्र कुपुरुषः इति कुसमासस्य उदाहरणं. किन्तु अत्र प्रादिसमासः इति एकमस्ति. प्रादिसमासस्य कृते सु
तत्र
इत्युक्ते प्रादिसमासस्य कृते सुभाषितम् अथवा सुपुरुषः यदा पुष्पा भगिन्या उक्तं तत्र सुपुरुषः इत्युक्ते तत्र विग्रहवाक्यं कथं भवति, शोभनः पुरुषः. शोभनः पुरुषः इति विग्रहवाक्यं वक्तव्यं भवति. तथा एव सुभाषितम् अस्ति चेत् शोभनं भाषितं, सुभाषितं. तत्र प्रादिसमासः अस्ति. प्रादिसमासः भिन्नः, कुसमासः भिन्नः. अपि च अत्र गतिसमासः अस्ति. गतिसमासस्य कृते उदाहरणानि तत्र साक्षात्कृत्य इति एकं पदमस्ति. साक्षात्कृत्य इत्युक्ते अप्रत्यक्षं प्रत्यक्षं कृत्वा इति विग्रहवाक्यं वक्तव्यं. तथा एव अशुक्लं शुक्लं कृत्वा, पुरस्कारं कृत्वा इति विग्रहवाक्यमस्ति चेत् तत्र समस्तपदं किं भवति, पुरस्कृत्य इति भवति. तथा एव आदरं कृत्वा, तस्य कृते समस्तपदं सत्कृत्य. ईदृशानि पदानि गतिसमासस्य उदाहरणानि. अपि च अन्तिमप्रकारकः अस्ति उपपदसमासः. उपपदसमासस्य कृते उत्तमम् उदाहरणं कुम्भकारः. कुम्भं करोति कुम्भकारः. चित्रं करोति चित्रकारः. तथा एव शास्त्रं जानाति शास्त्रज्ञः. शास्त्रज्ञः इति समस्तपदं. तत्र विग्रहवाक्यं शास्त्रं जानाति. तथा एव परमात्मा सर्वज्ञः. सर्वज्ञः इत्युक्ते सर्वं जानाति सर्वज्ञः. एतादृशानि पदानि बहु परिचितानि उदाहरणानि उपपदसमासस्य कृते. धन्यवादः भगिनी. अनन्तरम् अत्र अन्ये के के सन्ति? ललिता भगिनी, भवती पठितुम् इच्छति वा?
भगिनी, कोपुरुष इत्युक्ते किम्?
दुष्टपुरुषः, दुष्टः.
धन्यवादः.
पठतु.
तत्पुरुषसमासस्य कानिचन उदाहरणानि दीयन्ते. राज्ञः पुरुषः, राजपुरुषः इति षष्ठी तत्पुरुषसमासः. राजपुरुषः गच्छति इत्यत्र इत्यत्र पुरुषः इति उत्तरपदस्य प्राधान्यम् अस्ति. नीलः मेघः, नीलमेघः इति कर्मधारयसमासः. नीलमेघः वर्षति, नीलम् इति विशेषणं, मेघः इति विशेष्यं. मेघः एव वर्षति, अतः मेघस्य प्राधान्यम् अस्ति. पुनः अत्र उत्तरपदस्यैव प्राधान्यम्. अग्रे
पठतु भगिनी, पठतु.
अष्टानाम् अध्यायानां समाहारः. अष्टाध्यायी इति द्विगुसमासः. द्विगुसमासः तत्पुरुषसमासस्य एव प्रभेदः अस्ति. सः अष्टाध्यायीं पठति इति वाक्ये सः अध्यायान् एव पठति इत्यतः अत्र अध्यायानाम् एव प्राधान्यम् अस्ति. अत्रापि उत्तरपदस्यैव प्राधान्यम्. अग्रे सूत्रसहितं विवरणं द्रक्ष्यामः. तत्पुरुषसमाससम्बन्धसूत्राणि द्वितीयाध्याये प्रथमभागे द्वादशसूत्रात् आरभ्य
द्वादश नास्ति भगिनि, अत्र
द्वाविंशति सूत्रात् आरभ्य द्वितीयपादे द्वाविंशतिः सूत्रपर्यन्तं सन्ति.
किञ्चित् प्रतिपादयति वा शीघ्रं?
राजपुरुषः इति षष्ठी तत्पुरुषसमासः. राजः अत्र राजः उत्तरपदं पुरुषः पूर्वपदं.
न अत्र पश्यतु भगिनि, अत्र किञ्चित् अहं वदामि समयाभावात्. कोऽपि प्रतिपादयति वा अत्र? भवती शृणोतु. जगन्नाथ महोदय, भवान् प्रतिपादयतु किञ्चित्. अस्ति वा कोऽपि अत्र
उत्तरपदस्य प्राधान्यमस्ति?
इत्युक्ते अत्र एतावत्पर्यन्तं वयम् एतत् सर्वं पठितवन्तः. अत्र राजपुरुषः इति समस्तपदं, राज्ञः पुरुषः इति विग्रहवाक्यमस्ति. अत्र अस्मिन् समस्तपदे कृपया म्यूट् कुर्वन्तु. अस्मिन् समस्तपदे अत्र उत्तरपदप्राधान्यं दृश्यते. तत्र पूर्वमेव वयं चर्चितवन्तः प्राधान्यस्य विषये. अत्र राजपुरुषः गच्छति इति वाक्यं लिखामश्चेत् तत्र राजा न गच्छति, पुरुषः एव गच्छति इति विषयः. तदर्थमेव अत्र पुरुष इति पदस्य उत्तरपदस्य प्राधान्यम् अस्ति इति कृत्वा तत्र तत्पुरुषसमासः अस्ति इति अवगन्तुं शक्यते. द्वितीयम् उदाहरणं नीलमेघः समस्तपदं, विग्रहवाक्यं नीलः मेघः. नीलः च असौ मेघः च इति भिन्नरीत्यापि विग्रहवाक्यं वक्तुं शक्यते. तत्र नीलः च असौ मेघः च तथापि अत्र नीलमेघः मेघः कीदृशः नीलः, अत्र मेघस्य विशेषणमेव नीलः इति पदम्। अत्र प्राधान्यस्य अवगमनार्थं वयम् एकं वाक्यं लिखामः, नीलमेघः वर्षति इति वाक्यमस्ति, तस्मिन् मेघः इति विशेष्यम्। विशेष्यम् इत्युक्ते तत्र मेघः इति पदस्य वर्णनं, विशेषणपदं साधारणतया नामपदस्य विवरणं करोति, तदर्थमेव अत्र नील इति पदं विशेषणमस्ति, अपि च मेघ इति पदं विशेष्यमस्ति। अत्र कः वर्षति इति प्रश्नं पृच्छामश्चेत् मेघः वर्षति, न तु नीलः। इत्युक्ते तत्र क्रियापदं योजयित्वा वयं परिशीलनं कुर्मः चेत् तत्र मेघ इति पदस्य प्राधान्यं दृश्यते, तदर्थमेव अत्र उत्तरपदप्राधान्यमस्ति इति वक्तुं शक्यते। यत्र यत्र उत्तरपदप्राधान्यमस्ति तत्र तत्पुरुषसमासः भवति, अपि च अस्मिन् प्रत्येक अस्मिन् उदाहरणे द्वयोः पदयोः विभक्तिः समाना। इत्युक्ते तत्र अत्र एकार्थबोधकार्थमस्ति, सामानाधिकरण्यमपि अस्ति इति कृत्वा अत्र कर्मधारयसमासः अस्ति इति वक्तुं शक्यते। कर्मधारयसमासः तु तत्पुरुषसमासस्य एकः प्रभेदः, उदाहरणं दत्तमस्ति। तृतीयम् उदाहरणमस्ति अष्टाध्यायी। वयं सर्वे जानीमः, ये ये जनाः व्याकरणकक्षां गच्छन्ति तेषां सर्वेषां पार्श्वे अष्टाध्यायी पुस्तकमस्ति एव। अष्टाध्यायी इत्यस्य विग्रहवाक्यम् अष्टानाम् अध्यायानां समाहारः इति विग्रहवाक्यं भवति। तत्र पूर्वपदं संख्यावाचकपदमस्ति इति कृत्वा अत्र द्विगुसमासः, यत्र यत्र द्विगुसमासः अस्ति तत्र तिस्रः संज्ञाः दीयन्ते इति लिखितम् अस्ति, वयम् अवगतवन्तः पूर्वमेव। द्विगुसमासः तत्पुरुषसमासस्य एकप्रभेदः। अत्र यदि अत्र वयं पदप्राधान्यम् अवगन्तुमिच्छामश्चेत् एकं वाक्यं लेखनीयं, कथं सः अष्टाध्यायीं पठति अथवा अहम् अष्टाध्यायीं पठामि इत्यस्मिन् वाक्ये कस्य प्राधान्यमस्ति? अष्ट इति पदस्य प्राधान्यं नास्ति, अध्यायं पश्यामि, अध्यायान् पठामि। कति अध्यायान् पठामि? अष्टाध्यायान् पठामि। तत्रापि अध्याय इति पदस्य प्राधान्यमेव अस्ति, उत्तरपदस्य प्राधान्यम् अस्ति। अत्र द्विगुसमासप्रसङ्गे त्रीणि लक्षणानि दृश्यन्ते, एकं पूर्वपदं संख्यावाचकपदं भवति, अपि च समानविभक्तिकत्वम् अथवा सामानाधिकरण्यम् अस्ति, अपि च उत्तरपदार्थप्राधान्यं वर्तते इति कृत्वा तत्र तिस्रः संज्ञाः दीयन्ते। इत्युक्ते द्विगुसमासः अपि तत्पुरुषसमासस्य प्रभेदः एव। अग्रे गत्वा सूत्रसहितं विवरणं द्रक्ष्यामः। इत्युक्ते तत्पुरुषसमासः तस्य अधिकारः बहु बृहान् अस्ति, इत्युक्ते तत्पुरुषसमाससम्बद्धसूत्राणि बहूनि सन्ति। तदर्थमेव द्वितीयाध्यायस्य प्रथमपादात् आरभ्य द्वितीयाध्यायस्य द्वितीयपादपर्यन्तं तत्र बहूनि सूत्राणि, इत्युक्ते अत्र सप्तति सूत्राणि वा अथवा मोर् देन् 70 सूत्राणि सन्ति, केवलं तत्पुरुषसमासाधिकारे एव बहूनि सूत्राणि स्थापितानि सन्ति। अधुना अत्र गीताञ्जलिभगिनी भवती बहुव्रीहिसमासप्रसङ्गे पठतु।
आं भगिनि, एक प्रश्न भगिनी, भगिनी भवती पूर्वम् उक्तवती निर्विघ्नम् इति अव्ययी भावसमास इति, किन्तु तत्तु नयि समास अपि भवितुम् अर्हति भगिनि?
न, तत्र विग्रहवाक्यं, तत्र किमर्थम् इत्युक्ते तत् अभावार्थे निर् अभावार्थे निर् इति अव्ययस्य पदस्य उपयोगं कुर्मः, तत्र विग्रहवाक्यं कथं भवति? विघ्नानाम् अभावः इति वक्तव्यमस्ति। किन्तु नैतत्पुरुषसमासे सत्यम् असत्यम् इति वदामश्चेत् न सत्यम् असत्यम् इति भवति. इत्युक्ते नैतत्पुरुषसमासः भिन्नः. तत्र अव्ययीभावसमासयुक्तं पदं भिन्नम्. विघ्नानाम् अभावः, निर्भयम् इति वदामश्चेत् भयस्य अभावः. तत्र अभावार्थे निर् इति अव्ययपदस्य उपयोगं कुर्मः. तत्र पूर्वपदप्राधान्यं वर्तते. किन्तु नैप्रभृतयः तत्पुरुषसमासप्रभेदाः. इत्युक्ते अव्ययीभावसमासप्रसङ्गे पूर्वपदार्थप्राधान्यं वर्तते, किन्तु नैप्रभृतेषु उत्तरपदार्थप्राधान्यं वर्तते. किमर्थं चेत् तत्पुरुषसमासस्य एकः प्रभेदः एव नैसमासः. इत्युक्ते यदा वयं विस्तरेण पठामः तदा इतोपि स्पष्टतया अवगन्तुं शक्नुमः.
पठतु. धन्यवादः. बहुव्रीहिसमासः. बहुव्रीहिसमासे प्रायः अन्यपदस्य प्राधान्यं भवति. अन्यत् पदं समासाघटनं पदनम्. समासाघटकपदस्य अर्थः यदि क्रियया अन्वितः भवति तर्हि बहुव्रीहिसमासः इति उच्यते. अग्रिमं पठामि भगिनी.
पठतु.
यथा पीतं क्षीरं येन सह. पीतक्षीरः. पीतक्षीरः बालः गच्छति इति वाक्ये पीतपदस्य क्षीरपदस्य वा अर्थः क्रियायाः सह न अन्वेति, किन्तु समासघटकस्य बालपदस्य अर्थः क्रियाया सह अन्वेति. अतः पीतक्षीरः इत्यत्र बहुव्रीहिसमासः भवति. बहुव्रीहिसमासे अन्यपदार्थस्य प्राधान्यम् अस्ति. अत्र अन्यपदार्थः बालः इत्यस्य प्राधान्यम्, अतः बहुव्रीहिसमासः. बहुव्रीहिसमाससम्बन्धसूत्राणि द्वितीय अध्याये द्वितीयपादे त्रयोविंशतिः सूत्र आरम्भे द्वितीय अध्याये द्वितीयपादस्य अष्टविंशतिः पर्यन्तं सूत्रं सन्ति. अत्र बहुव्रीहिसमासस्य विषये किञ्चित् दत्तं. प्रमुखवार्ता इति अत्र न तु प्रथम पदं प्राधान्यं, न तु उत्तर पदं प्राधान्यम्. अत्र तु अन्यपदं प्राधान्यम् एव इति दत्तं. यथा पीतं क्षीरं येन सह. पीतक्षीरः अत्र तु न प्राधान्य पदम्. अत्र तु बालः एव. पीतक्षीरः बालः गच्छति. अत्र तु पीतः न गच्छति, क्षीरः न गच्छति, बालः एव गच्छति. बालः एव क्रियया सह अन्वेति अत्र. अपि च पञ्चसूत्राणि एव बहुव्रीहिसमासे सन्ति.
तत्र शेषो बहुव्रीहिः इति एकं सूत्रम् अस्ति. तस्मात् आरभ्य तत्र पठामः. अत्र प्रमुखविषयः तु अन्यपदस्य प्राधान्यं वर्तते इति विषयः. अत्र अन्यपदं किम्, अन्यत् पदं किम् इत्युक्ते बालः इति अन्यत् पदम्. यदा भवत्या उक्तं पीतः न गच्छति, क्षीरं न गच्छति, पीतं न गच्छति, बालः गच्छति इत्युक्ते बालः इति पदस्य विशेषणमेव पीतक्षीरः. बालः कीदृशः? बालः पीतक्षीरः इत्युक्ते क्षीरं पीतं येन सह, ईदृशरीत्या विग्रहवाक्यं सम्भवति. अत्र पूर्वस्मिन् वाक्ये अन्यत् पदं समासाघटकं पदम् इति लिखितमस्ति. तत्र सवर्णदीर्घसन्धिः भवति, पदविच्छेदं कुर्मः चेत् समास अघटकं पदम् इत्युक्ते समासे दट्स् नाट् द पार्ट् आफ् द समास, समास अघटकं पदम्. तत्र सन्धिं कुर्मः चेत् समासाघटकं पदम् इति भवति. इत्युक्ते अन्यपदस्य प्राधान्यम् अस्ति, अपि च तत् अन्यत् पदं समस्तपदे नास्ति. इत्युक्ते अन्यपदस्य विशेषणं साधारणतया बहुव्रीहिसमासयुक्तं पदं, तस्मिन् वाक्ये अन्यपदस्य विशेषणं भवति. अत्र बालः इति पदस्य विशेषणं पीतक्षीरः. इत्युक्ते समासघटकपदस्य समासाघटकपदस्य अर्थः क्रियया सह अन्वितः भवति इति लिखितमस्ति. आहत्य अत्र इतोपि एतावत् अन्यपदार्थप्राधान्यं वर्तते. किञ्चित् आस्वादार्थम् अहं कानिचन समस्तपदानि वदामि, बहुव्रीहिसमासयुक्तपदानि. चतुर्भुजः एकं पदमस्ति, चत्वारः भुजाः यस्य सः. सिंहवाहना, सिंहः वाहनं यस्याः सा इति वदामः. महाबलः इत्युक्ते महत् बलं यस्य सः. तथा एव अनाधा इति पदमस्ति चेत् न विद्यते नाथः यस्याः सा. चक्रपाणिः, शङ्खपाणिः, गदापाणिः, शान्ताकारः, भुजगशयनः, पद्मनाभः, एतानि पदानि सर्वाणि तत्र बहुव्रीहिसमासयुक्तपदानि. चक्रपाणिः इत्युक्ते चक्रं पाणौ यस्य सः. तत्र एतादृशानि पदानि अत्र बहुव्रीहिसमासस्य कृते उदाहरणानि. विषकण्ठः, विषं कण्ठे यस्य सः. तथा एव मोदकहस्तः, मोदकं हस्ते यस्य सः. तादृशरीत्या अत्र विग्रहवाक्यं सम्भवति. एतावता मोदकहस्तः, विषकण्ठः एतानि पदानि अन्यपदस्य विशेषणानि भवन्ति. विषकण्ठः इत्युक्ते ईश्वरः, मोदकहस्तः इत्युक्ते गणेशः. तथा एव चक्रपाणिः इत्युक्ते श्रीकृष्णः. गदापाणिः इत्युक्ते महाविष्णुः अथवा भीमः अपि भवितुमर्हति. इत्युक्ते अत्र अन्यपदस्य विशेषणं भवति अत्र बहुव्रीहिसमासयुक्तं पदं. बहूनि यदा वयं स्तोत्राणि पठामः, स्तोत्रेषु साधारणतया बहुव्रीहिसमासयुक्तपदानि, बहूनि पदानि वयं द्रष्टुं शक्नुमः.